पाणिनीयव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। महोदय श्लोकान् स्मारयतु।
येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् तत्सदं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादाः। सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति करपत्रं समाप्यमानमस्ति। करपत्रस्य अधोभागे परिशिष्टं वर्तते। अवशिष्टभागं परिशिष्टम् अद्य परिशीलयाम। एतावत्पर्यन्तं किम् अधीतं, के के विषयाः अधीताः? प्रकृतितः यः विधीयते सः एव प्रत्ययः। क्रियापदस्य निर्माणसमये धातुः एव प्रकृतिः, इत्युक्ते धातुतः प्रत्ययस्य विधानं भवति। प्रकृतितः प्रत्ययः योजितः भवति। नामपदस्य निर्माणसमये प्रातिपदिकं प्रकृतिः भवति। क्रियापदस्य निर्माणप्रसङ्गे धातुः प्रकृतिः भवति। प्रकृतेः अनन्तरं यः विहितः भवति सः एव प्रत्ययः। प्रत्ययाधिकारः अष्टाध्यायीग्रन्थे त्रिषु अध्यायेषु वर्तते, तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च। तृतीयाध्याये धातुतः प्रत्ययाः विधीयन्ते, धातोः परं प्रत्ययः विधीयते, इत्युक्ते प्रकृतेः अनन्तरमेव प्रत्ययः विहितः भवति। तदर्थमेव तत्र अधिकारसूत्रमस्ति, परश्च इति अधिकारसूत्रेण तदेव उच्यते। परश्च इत्यनेन प्रकृतेः अनन्तरमेव, प्रकृतेः परम् एव प्रत्ययः विहितः भवति। तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति, इत्युक्ते तृतीयाध्याये धातुतः प्रत्ययाः विधीयन्ते। धातुभ्यः विधीयमानाः प्रत्ययाः कीदृशाः? धातुभ्यः विधीयमानाः प्रत्ययाः द्विधा भवितुमर्हन्ति। प्रत्ययः तिङ् अथवा षित् अस्ति चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन सः प्रत्ययः सार्वधातुकसंज्ञकः भवति। ये प्रत्ययाः तिङ्क्षित् भिन्नाः सन्ति ते आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकाः भवन्ति। एतत् सर्वं प्रत्ययानां प्रसङ्गे उक्तमस्ति। धातुभ्यः विधीयमानाः प्रत्ययाः भिन्नरीत्या वर्गीकरणं कुर्मः चेत् द्विधा भवन्ति। कथम् इत्युक्ते धातुभ्यः विधीयमानाः प्रत्ययाः ये तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति, कृदतिङ् इति सूत्रेण। एतत् सर्वं प्रत्ययानां प्रसङ्गे। लकाराणां प्रसङ्गे किम् अधीतं? सार्वधातुकलकाराः आर्धधातुकलकाराः नाम किम् इत्यपि अधीतमस्ति। प्रक्रिया द्विधा भवति, सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया, द्विविधमस्ति प्रक्रिया। सार्वधातुकलकारेषु किं भवति? सार्वधातुकलकारेषु धातुना कर्त्रर्थकसार्वधातुकप्रत्ययः दृश्यते। सः कर्त्रर्थकसार्वधातुकप्रत्ययः तिङ् प्रत्ययः वा भवतु, कृत् प्रत्ययः वा भवतु, प्रत्ययः कर्त्रर्थकः अपि च सार्वधातुकसंज्ञकः अस्ति चेत् धातुना सः प्रत्ययः दृश्यते सार्वधातुकलकारेषु। कर्त्रर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य, सः प्रत्ययः कृत् वा भवतु, तिङ् वा भवतु, कर्त्रर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य कर्तरि शप् इति सूत्रेण धातुतः शप् विहितः भवति, निमित्तानि पूरितानि सन्ति चेत्। कृत् प्रत्ययानां प्रसङ्गे अपि एवमेव चिन्तनं करणीयं। तिङन्तानां प्रसङ्गे अपि निमित्तानि पूरितानि सन्ति चेत्, इत्युक्ते तत्र प्रत्ययः कर्त्रर्थकः भवेत् अपि च सार्वधातुकसंज्ञकः भवेत्। सार्वधातुकः इत्युक्ते तिङ्क्षित् चेत्, निमित्तानि पूरितानि सन्ति चेत् कर्त्रर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य कर्तरिशप् सूत्रेण शपायाति। तिङ् प्रत्ययः अपि च शप् प्रत्ययः द्वयोर्मध्ये परस्पर आश्रयः अस्ति, इत्युक्ते सार्वधातुकप्रक्रियायाम् आदौ तिङ् प्रत्ययः आयाति, तिङ् प्रत्ययः कर्त्रार्थकः सार्वधातुकः चेत् तदा तं प्रत्ययं निमित्तीकृत्य शपायाति. इत्युक्ते द्वयोर्मध्ये परस्पर आश्रयः अस्ति. एतादृशी स्थितिः चतुर्षुलकारेषु वर्तते. ते एव सार्वधातुकलकाराः. लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकाः. सार्वधातुकलकारेषु कर्त्रार्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य यदा शप् विहितः भवति तदा सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. तदा गणचिन्तनं करणीयं. यदा कर्तरीशप् सूत्रेण शप् विहितः भवति तदा गणम् आश्रित्य गणम् अनुसृत्य गणविकरणाः आयान्ति. एतत् सर्वं सार्वधातुकप्रक्रियायां भवति. आर्धधातुकप्रक्रियायां किं भवति? आर्धधातुकलकारेषु प्रथमस्तरे एव लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः आयाति. उदाहरणार्थं परिचितः लकारः लृट् लकारः. लृट् लकारं स्वीकुर्मः चेत् लृट् लकारे शप् न विहितः भवति. किमर्थं चेत् तत्र प्रथमस्तरे एव स्या इति लकारनिमित्तिकविकरणप्रत्ययः स्यतासील् रू लुटोः इति सूत्रेण आगत्य उपविशति. तदर्थं धातुना तिङ्प्रत्ययः द्रष्टुं न शक्नोति. धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति. एतादृशी स्थितिः आर्धधातुकलकारेषु अस्ति. धातोः अनन्तरं स्या प्रत्ययः अस्ति लृट् लकारे. अन्येषु अर्धधातुकलकारेषु अन्ये लकारनिमित्तिकविकरणप्रत्ययाः सन्ति इति कारणतः अर्धधातुकलकारेषु धातुना कर्त्रार्थकतिङ्प्रत्ययः द्रष्टुं न शक्नोति. अतः तत्र शप् न विहितः भवति. शप् न विहितः भवति चेत् तदा गणचिन्तनम् अनावश्यकं. गणविकरणाः अपि न आयान्ति. तादृशी स्थितिः आर्धधातुकलकारेषु अस्ति. षट् लकाराः आर्धधातुकलकाराः. रुट् लकारे अपि च लृङ् लकारे स्यतासील् रू लुटोः सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. इत्युक्ते लकारद्वये लृट् लकारः लृङ् लकारः द्वयोः प्रसङ्गे स्यतासील् रू लुटोः सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः लकारं निमित्तीकृत्य आयाति. लुट् लकारे तास् इति लकारनिमित्तिकप्रत्ययः आयाति. लुङ् लकारे चिलि इति लकारनिमित्तिकविकरणप्रत्ययः लकारं निमित्तीकृत्य आयाति. एवम् एतेषु चतुर्षु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः प्रथमस्तरे एव आयाति. लकारस्य स्थाने लस्य सूत्रेण तिबादयः आयान्ति द्वितीयसोपाने. इतोपि लकारद्वयमस्ति खलु, लिट् लकारः आशीर्लिङ्ग् लकारः. लिट् लकारे लिट् च इति अपवादसूत्रेण तत्र तिङ्प्रत्ययाः साक्षात् आर्धधातुकसंज्ञकाः भवन्ति. इत्युक्ते लिट् च इति सूत्रम् अपवादसूत्रम्. तिङ्प्रत्ययाः तिङ्क्षित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञकाः सामान्यतया इति वयं पठितवन्तः. किन्तु लिट् लकारे किं भवति? लिट् लकारे लिट् च इति सूत्रेण तत्र तिङ्प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति इति साक्षात् पाणिनिना उक्तमस्ति. अपि च आशीर्लिङ्ग् लकारे लिङ्गाशेषि इति विशिष्टसूत्रेण अपवादसूत्रेण अपवादत्वेन तस्मिन् लकारे तिङ्प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति. लिट् लकारे अपि च आशीर्लिङ्ग् लकारे द्वयोः प्रसङ्गे लकारनिमित्तिकविकरणप्रत्ययः न आयाति, गणविकरणप्रत्ययः अपि न आयाति. तत्र साक्षात् तिङ्प्रत्ययाः आर्धधातुकसंज्ञकाः. अतः तत्र कर्तरीशप् नास्ति, गणविकरणप्रत्ययाः अपि न आगच्छन्ति. एवं षट्सु आर्धधातुकलकारेषु कार्याणि भवन्ति. आर्धधातुकलकारेषु कर्तरि शप् इत्यस्य अवसरः नास्ति. किमर्थं चेत् तत्र निमित्तानि न पूरितानि. आर्धधातुकप्रक्रियायां लकारनिमित्तिकविकरणाः आयान्ति. ते लकारनिमित्तिकविकरणप्रत्ययाः सार्वत्रिकाः. इत्युक्ते तेषां कार्यं सर्वेषां धातूनां कृते अस्ति. सारांशः कः? आर्धधातुकलकारेषु गणचिन्तनं नास्ति, कर्तरिषप् इत्यस्य अवसरः नास्ति, किन्तु इडागमचिन्तनं करणीयम्. उदाहरणार्थं लृट् लकारं पश्यामश्चेत् विवक्षानुगुणं धातुं स्वीकुर्मः. पठिति धातुः अस्ति, तस्मात् परं लृट् लकार प्रत्ययः आयाति. किमर्थं चेत् अस्माकं विवक्षा लृट् लकारः, अतः लृट् आयाति. तदा लृट् लकारं निमित्तीकृत्य सेतासीलरुलुटोः सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः प्रथमस्तरे एव तत्र आगत्य तिष्ठति. अतः पठ् योगः स्या इति रूपम् अस्ति. तदनन्तरं लृट् इत्यत्र तकारः इत्संज्ञकः, ऋकारः अनुनासिक ऋकारः, अतः उपदेशे जुनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. तत्र ला एव शिष्यते लकारस्य स्थाने. तिबादयः इत्युक्ते अस्माकं विवक्षानुगुणं प्रथमपुरुषे एकवचनरूपं साधयितुमिच्छामश्चेत् तदा तत्र तिप्रत्ययं योजयामः. तत्र स्थितिः का? पठ्ययोगः स्यायोगः तिप् इति स्थितिः अस्ति. अत्र पठ् धातुः सेट् धातुः. स्याप्रत्ययः आर्धधातुकस्य इड्वलादेः सूत्रेण स्याप्रत्ययः अपि इडनुकूलप्रत्ययः. अतः धातौ आनुकूल्यमस्ति, स्याप्रत्यये अपि आनुकूल्यमस्ति इडागमः भवितुं. तदर्थं तत्र इडागमः भूत्वा पठ्ययोगः ईयोगः स्यति इति रूपं भवति. अत्र इडागमः प्रत्ययस्य इडागमः. प्रत्ययस्य आदौ आयाति. इष्ट् टिट् अस्ति इति कारणतः इडागमः प्रत्ययस्य आगमः भवति. अतः पठ्ययोगः इष्यति इति रूपम् अस्ति. अपि च अन्या वार्ता का? लृट्लकारे स्याप्रत्ययः तिङ् प्रत्ययस्य एकः भागः भूत्वा तत्र तिष्ठति. लृट्लकारे स्या इति प्रत्ययः तिङ् प्रत्ययस्य एकः भागः भूत्वा सर्वदा तेन सह तिष्ठति. अतः पठ्ययोगः ईयोगः स्यति अथवा पठ्ययोगः इष्यति इति रूपं भवति. वर्णमेलनेन पठिष्यति इति रूपं भवति. मूलप्रत्ययाः सन्ति खलु, मूलप्रत्ययेभ्यः सिद्धप्रत्ययानां निर्माणं भवति. लृट्लकारप्रसङ्गे सिद्धप्रत्ययाः स्यति, स्यतः, स्यन्ति इत्यादयः. लट्लकारे अपि सिद्धप्रत्ययाः भवन्ति, भिन्नप्रत्ययाः. लोट्लकारे अपि भिन्नसिद्धतिङ्प्रत्ययाः सन्ति. मूलप्रत्ययाः भिन्नाः, सिद्धप्रत्ययाः भिन्नाः. लृट्लकारे स्यति, स्यतः, स्यन्ति इत्यादयः सिद्धप्रत्ययाः. अपि च पठिष्यति इत्यत्र दन्त्यसकारस्य स्थाने षत्वं भवति आदेशप्रत्यययोः इति विशिष्टं सूत्रमस्ति. तेन सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. तावत्पर्यन्तं वयं पठितवन्तः. अपि च तनादिगणीयविकरणप्रत्ययः अपि आर्धधातुकः, तस्मिन् प्रसङ्गे अपि पठितम्. अद्य परिशिष्टं परिशीलयाम. इतोपि स्पष्टतया सार्वधातुकप्रक्रियायां किं भवति, आर्धधातुकप्रक्रियायां किं भवति, तत्र शास्त्रीयचिन्तनं किं, किमर्थं कर्तरीश आदौ आयाति सार्वधातुकप्रक्रियायाम्, आर्धधातुकप्रक्रियायां स्यतासील रूलुटोः सूत्रमेव प्रथमं किमर्थं कार्यं करोति, तत्र शास्त्रीयचिन्तनं किम् इति अपि परिशीलनीयं. तदर्थमेव परिशिष्टं दत्तमस्ति. इदानीं करपत्रं पश्यन्तु. परिशिष्टम् इत्यस्मात् आरभ्य पठेम. प्रक्रियाक्रमः अस्ति. प्रक्रियायां सोपानानि सन्ति. प्रथमे सोपाने किं भवति, द्वितीयसोपाने किं भवति इति स्पष्टतया ज्ञातव्यम्. प्रक्रियाक्रमः कीदृशः इति द्रष्टव्यम्. नरसिंहहेग्डेमहोदय, भवान् पठतु.
परिशिष्टं प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनं. प्रश्न उदेति यत् लस्य स्थाने तिङ्प्रत्ययः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्ययः विधीयते. अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति. सार्वधातुकप्रक्रिया इति चेत् विवक्षामनुसृत्य धातुः यथा भू योगलकारः यथा लट्, लट् लकारधातुभ्यः विधीयते. अपि च तिंश्चित् भिन्नः अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुक भवति. धातुभ्यः विधीयमानलकारः तु प्रत्ययः, तिङ्भिन्नश्च अथ लकार इति प्रत्ययः कृततिङ् इत्यनेन कृत्संज्ञकः. आर्धधातुकसंज्ञक इत्यतः कर्तरीषप् इत्यस्य प्रसक्तिर्नास्ति. लस्य तिप्तस्ति मयिङ् पर्यन्तम् इत्याभ्यां तिङ् विधानं भूयोग तिप् तिंशित् सार्वधातुकम् अतिबादयः सार्वधातुकसंज्ञाः कर्तर्तकाश्च कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययपरश्च कर्तरि सार्वधातुके. भूयोगशप् योगतिप् भवति इति रूपं भवति. अत्र अर्धधातुकप्रक्रिया का, सार्वधातुकप्रक्रिया का इति चिन्तनमस्ति, दत्तमस्ति. प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवच्चिन्तनमस्ति. अत्र प्रश्नः उदेति यत् लस्य स्थाने तिङ् प्रत्ययः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्यये विधीयते. एतदस्ति प्रश्नः. लस्य स्थाने तिपादय आयान्ति वा विकरणप्रत्ययः आयाति वा इति अस्य विवरणम् अत्र दत्तमस्ति. अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति. अत्र दत्तमस्ति किम् इति, सार्वधातुकप्रक्रिया इति किम् इति अत्र दत्तमस्ति. सार्वधातुकप्रक्रिया इति चेत् विवक्षाम् अनुसृत्य धातु यथा भू किमपि धातु नयामः स्वीकुर्मः तस्य लकारकविवक्षा किम् अस्ति इति निर्धारणं करणीयं. तत्र भूयोग भूधातु उदाहरणं दत्तमस्ति. अत्र लट् लकारस्य उदाहरणं दत्तमस्ति. भूयोग लकारः अत्र वर्तमाने लट् इति, लट् इति दत्त स्वीकृतमस्ति. लकारः दातव्य विधीयते अपि च किञ्चित् भिन्नः अतः सार्वधातुकशेषः इति अर्धधातुकसंज्ञक. अस्य अत्र लट् इति भूयोग लट् इति अस्ति. अतः भू अनन्तरं लट् संयोजितमस्ति. अतः धातुभ्यः विधीयते लकारः अतः तदपि प्रत्ययः भवति. लट् इत्यत्र न छिङ् अस्ति न शित् अस्ति. अतः लट् इति आर्धधातुक आर्धधातुकं शेष इत्यनेन तद् आर्धधातुकसंज्ञकं प्राप्नोति. धातुभ्यः विधीयमानलकारः तु प्रत्ययः, तिङ् भिन्नश्च अतः लकार इति प्रत्यय कृतिङ् इत्यनेन कृत् संज्ञकः भवति. अतः तिङ् नास्ति, आर्धातुकः अस्ति परन्तु आर्धातुकः अस्ति चिङ् नास्ति षित् नास्ति अतः आर्धातुकं भवति. तिङ् नास्ति इति कृत्वा कृतिङ् इत्यनेन तत् कृत् संज्ञकः भवति लट् लकारः. अर्धधातुकसंज्ञकः इत्यतः कर्तरि शप् इत्यस्य प्रसक्तिर्नास्ति. कर्तरि शप् इत्यस्य प्रसक्तिः तदेव भवति यतः यदि धातोः पर सार्वधातुकप्रत्ययः अस्ति. परन्तु अत्र इदानीं वयं दृष्टवन्तः लट् इति सार्वधातुकं नास्ति, तिङ्क्षित् नास्ति इति कृत्वा अतः तत्र कर्तरि शप् इत्यस्य प्रसक्तिः न भवति. अस्य तिप् तिङ् प्रत्ययः तिप् आरभ्य महिङ् पर्यन्तम् इत्याभ्यां तिङ् विधानं भूयोग तिप् तिङ्क्षित् सार्वधातुकं तिभादय सार्वधातुकसंज्ञा कश्चन कर्तृतकाश्च कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके तिप् भवति इत्यस्य प्रसक्तिर्नास्ति. लस्य इत्यभ्यां तिङ्विधानं भूयोग तिप् तिङ्क्षित् सार्वधातुकं तिबादयः अत्र किमस्ति, भूयोग लट् इति अस्ति. अत्र लट् इति तु वयं दृष्टवन्तः तत्तु सार्वधातुकं नास्ति, आर्धधातुकः अस्ति. अत्र लस्य इति सूत्रम् आयाति. लस्य इति सूत्रेण तिबादय आयान्ति. अत्र भूयोग तिप् इति अस्ति, शप् न आयाति. कर्तरि शप् इत्यस्य प्रसिद्धिः नास्ति परन्तु भूयोग तिप् तिप् एव आयाति. अत्र भूयोग तिप् तिङ्क्षित् सार्वधातुकं तिबादय आयान्ति. अत्र सार्वधातुकसंज्ञकः कर्तृत्वक अस्ति. कर्तरि शप् इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र अधि इदानीं स्थितिः अस्ति भूयोग तिप् इति. तिप् इति सार्वधातुकप्रत्ययः अस्ति अतः कर्तरि शप् अस्य प्रसक्तिः इदानीं भवति. अतः कर्तरि शप् प्रसक्तिः भूत्वा भूयोग शप् योग तिप् भवति. तत्र अतः भवति इति अन्तिमरूपं भवति. रूपम्
उत्तमं महोदय. तदेव
धन्यवादः.
तदेव उत्तमम्. किञ्चित् वक्तुमिच्छामि. प्रक्रिया इत्युक्ते नियतविधिः इत्युक्ते पदस्य निर्माणं कथं भवति, प्रक्रियाकाले प्रक्रियायां सोपानानि कानि, सर्वाणि सोपानानि मिलित्वा प्रक्रिया इति वदामः. परि उपसर्गपूर्वकः सिश् धातुतः कथाप्रत्ययस्य योजनेन परिशिष्टम् इति रूपं सिद्ध्यति. अत्र चिन्तनं मूल्यवत् अस्ति, चिन्तनं नपुंसकलिङ्गपदमस्ति इत्यतः मूल्यवत् इति रूपं दत्तमस्ति. मतु प्रत्ययान्तरूपम् अस्ति, मतु प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अदन्तप्रातिपदिकमस्ति चेत् वत् वान् वति इति रूपाणि भवन्ति. अन्यप्रातिपदिकमस्ति चेत् मत् मान्, बुद्धिः इति अस्ति चेत् बुद्धिमान्, बुद्धिमती, बुद्धिमत् एवं रूपाणि भवन्ति. अत्र मूल्यवत् अस्ति, यथा धनवान्, धनवती, धनवत् एवं रूपाणि भवन्ति. अदन्तप्रातिपदिकमस्ति चेत् तादृशं कार्यं भवति. अत्र मूल्यवत् चिन्तनम् अस्ति, वेल्युबल् चिन्तनम् अस्ति, मूल्यवान्, मूल्यवान् समयः इति वक्तुं शक्यते. प्रथमे परिच्छेदे एव एकः प्रश्नः दत्तः, लस्य स्थाने आदौ तिङ्प्रत्ययाः आयान्ति वा नो चेत् विकरणप्रत्ययः प्रथमं विधीयते वा इति प्रश्नः. तत्र तस्य कृते प्रक्रिया कीदृशी अस्ति इति ज्ञातव्यं. प्रक्रिया सार्वधातुकः वा आर्धधातुकप्रक्रिया वा? सार्वधातुकप्रक्रिया अस्ति चेत् विवक्षानुगुणं धातुं स्वीकुर्मः, विवक्षानुगुणं लकारं स्वीकुर्मः. धातोः परं लकारः अस्ति, दशलकाराः सन्ति खलु, सर्वे लकाराः प्रत्ययाः एव. इत्युक्ते लट् एकः प्रत्ययः, लोट् अपि प्रत्ययः. लकाराः सर्वे, सर्वे लकाराः आर्धधातुकसंज्ञकाः. किमर्थमित्युक्ते लकाराः अपि प्रत्ययाः एव. लट् इति कथनेन लट् इति एकः प्रत्ययः, लट् प्रत्ययः आर्धधातुकः. किमर्थं लट् प्रत्ययः? तिङ् नास्ति, षित् नास्ति, तिङ् षित् भिन्नः अस्ति, अतः लट् प्रत्ययः आर्धधातुकसंज्ञकः. किन्तु लट् प्रत्ययस्य आर्धधातुकत्वं क्षणिककालपर्यन्तमेव तत्र तिष्ठति. लट्लकारप्रत्ययस्य आर्धधातुकत्वम् अस्ति, लट्लकारप्रत्ययः आर्धधातुकः एव, किन्तु तस्य आर्धधातुकत्वं केवलं क्षणकालमेव तत्र तिष्ठति. इत्युक्ते लट् अर्धधातुकसंज्ञा अस्ति किन्तु तस्य प्रयोजनं किमपि नास्ति. लट् तिंशित् भिन्नः अस्ति इति कारणतः आर्धधातुकसंज्ञकः. लट् प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः. लट् प्रत्ययः इतोपि कीदृशः? लट् प्रत्ययः तिङ् वा कृत् वा इति अपि निर्णेतव्यम्. लट् प्रत्ययः तिङ् नास्ति इति कारणतः कृदतिङ् इति सूत्रेण लट् इति प्रत्ययः तिङ् भिन्नः. कृदतिङ् इति सूत्रेण लट् प्रत्ययः कृत् भवति. इत्युक्ते सर्वे लकाराः लकारप्रत्ययाः अर्धधातुकाः अपि च कृत् संज्ञकाः. धातुभ्यः विधीयमानाः लकारप्रत्ययाः सर्वे, तेषाम् अर्धधातुकत्वम् अस्ति चेदपि तेन किमपि प्रयोजनं नास्ति. अथवा लकारप्रत्ययाः सर्वे कृत् प्रत्ययाः कृदतिङ् इति सूत्रेण. इत्युक्ते लट् प्रत्ययः कृत् संज्ञकः. किमर्थं चेत् धातुभ्यः विधीयमानः प्रत्ययः अपि च तिङ् नास्ति, अतः कृत् संज्ञकः. अत्र किं लिखितम्? असार्वधातुकसंज्ञकः इति लिखितम् अस्ति. इत्युक्ते लट् प्रत्ययः सार्वधातुकः नास्ति खलु, तिंशित् भिन्नः खलु, अतः असार्वधातुकसंज्ञकः. असार्वधातुकसंज्ञकः अपि च कृदतिङ् सूत्रेण कृत् संज्ञकः लट् प्रत्ययः. लट् प्रत्ययः असार्वधातुकः इत्युक्ते आर्धधातुकः, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अथवा कार्यं तत्र नास्ति. कर्तरि शप् सूत्रस्य कृते निमित्तानि कानि? अनुवृत्तिसहितसूत्रं पश्यामश्चेत् धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति लिखितमस्ति. अस्य परिच्छेदस्य अन्तिमवाक्ये अनुवृत्तिसहितसूत्रं दत्तमस्ति. तत्र निमित्तं किं? कर्तरि सार्वधातुके. इत्युक्ते कर्तृकप्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेदेव कर्तरि शप् सूत्रस्य कृते निमित्तानि पूरितानि भवन्ति, तदानीम् एव तस्य कार्यं भवति. किन्तु अत्र इदानीं स्थितिः का? भूयोगः लट् इत्यस्यां दशायां कर्तरि शप् आगन्तुं न शक्नोति. किमर्थं चेत् भूयोगः लट् इत्यत्र लट् प्रत्ययः आर्धधातुकः, सार्वधातुकसंज्ञकः नास्ति, अतः कर्तरि शप् सूत्रस्य कृते निमित्तानि न पूरितानि, अतः कर्तरि शप् आगन्तुं न शक्नोति. अतः तस्यां दशायां लट् इत्यत्र टकारः इति संज्ञकः, अकारः अनुनासिकः उपदेशजनुनासिकः इति सूत्रेण अकारस्य इतिसंज्ञा भूत्वा केवलं लकारः एव तत्र तिष्ठति. भूयोगः लकारः इति अस्ति. तस्यां दशायां लस्य इति अधिकारसूत्रेण टिबादयः आयान्ति. अस्माकं विवक्षानुगुणम् इत्युक्ते प्रथमपुरुषे एकवचनविवक्षा अस्ति चेत् तिप्रत्ययः आयाति. अत्र अस्मिन् दीर्घसूत्रे अष्टादश तिङ्प्रत्ययाः सन्ति. नव तिङ्प्रत्ययाः परस्मैपदिधातूनां कृते, नव तिङ्प्रत्ययाः आत्मनेपदिधातूनां कृते अस्मिन् दीर्घसूत्रे तिप्तस् झि सिप्तस्थ इत्यस्मिन् सूत्रे दत्तमस्ति. इत्युक्ते भूयोगः लकारः इत्यस्यां दशायां लस्य इति अधिकारसूत्रेण तिबादयः विधीयन्ते विवक्षानुगुणम्. अतः भूयोगः तिप् इति स्थितिः अस्ति. तिप्रत्ययः तिङ्प्रत्ययेषु अन्यतमः खलु. अतः तिंशित् सार्वधातुकं सूत्रेण तिप्रत्ययः सार्वधातुकसंज्ञकः अपि च कर्त्रर्थकः. अतः इदानीं कर्त्रर्थकसार्वधातुकसंज्ञकप्रत्ययः धातोः परमस्ति इति कारणतः कर्तरि शप् सूत्रस्य कृते निमित्तं पूरितमस्ति. अतः अत्र शप् विहितः भवति. भूयोगः तिप् अनयोर्मध्ये इदानीं शप् आगच्छति. सार्वधातुकप्रक्रियायाम् एतादृशं कार्यं भवति. चतुर्षु लकारेषु एतादृशं कार्यमेव भवति. भूयोगः तिप् इति स्थितिः. भूयोगः तिप् इत्यत्र भूधातुना तिप्रत्ययः साक्षात् दृश्यते. अतः तिप्रत्ययं निमित्तीकृत्य शप्रत्ययः आयाति. इत्युक्ते तिप् अपि च शप् अनयोर्मध्ये परस्पराश्रयः अस्ति. अपि च अन्या वार्ता का. भूधातुतः लट् प्रत्ययः वर्तमाने लट् इति सूत्रेण लट् प्रत्ययस्य विधानं भवति. इत्युक्ते लट् लकारस्य कृते विधायकसूत्रमस्ति वर्तमाने लट्. वर्तमानकालार्धे लट् प्रत्ययः विहितः भवति इति अर्थः. वर्तमाने लट् सूत्रेण लट् प्रत्ययस्य विधानं भवति. अपि च प्रत्ययाधिकारः अस्ति खलु. प्रत्ययाधिकारे सप्तविधप्रत्ययाः सन्ति. अष्टाध्याय्यां प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति खलु. तत्र सप्तविधप्रत्ययाः तेषु त्रिषु अध्यायेषु विहिताः भवन्ति. ते प्रत्ययाः के इत्युक्ते सनादिप्रत्ययाः, तिङ्प्रत्ययाः, सुप्रत्ययाः, विकरणप्रत्ययाः, कृत्प्रत्ययाः, स्त्रीप्रत्ययाः, तद्धितप्रत्ययाः. एवं सप्तविधप्रत्ययाः प्रत्ययाधिकारे विधीयन्ते. तृतीयाध्याये तु केवलं धातुभ्यः प्रत्ययाः विधीयन्ते. धातुभ्यः विधीयमानः प्रत्ययः तिङ् नास्ति चेत् कृत् भवति. अत्र सार्वधातुकप्रक्रियायां लट् लकारप्रसङ्गे उक्तमस्ति. लोट्, लङ् विधिलिङ् एतेषु त्रिषु लकारेषु अपि एतादृशरीत्या एव कार्यं भवति. कर्तरिषप् कदा आयाति, विकरणप्रत्ययः कदा आयाति, तिङ् प्रत्ययः कदा आयाति, अत्र सोपानक्रमः कः, प्रक्रियाक्रमः कः, प्रक्रियायां कस्मिन् सोपाने कर्तरि शप् आयाति इत्यस्य उत्तरम् अत्र दत्तमस्ति. अग्रे सरेम. सत्यभामा भगिनी पठित्वा वदतु.
आहत्य इत्यतः खलु भगिनि?
आम्.
आहत्य लकारस्य स्थाने तिङ्, तदा तिङ् सर्वधातुकत्वात् शप शप् विधानं. यावत् सार्वधातुकः प्रत्ययः न आगच्छेत् तावत् कर्तरि शप् इत्यस्य प्रसक्तिः न स्यात्. शप् च शपं प्रपाद्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विद्यते. एवं भवति लटि, लोटि, लिङि, विदर्लिङि अपि च सदृशानचोः. आहत्य लकारस्य स्थाने तिङ्, तदा तिङः सार्वधातुकतात् शप् विधानम्. आहत्य लकारस्य स्थाने तिङः, तदा तिङः सार्वधातुकतात् शप् विधानम्. यदि धातोः परः लकारस्य अस्माकं विवक्षानुसारं लकारस्य विधानं भवति तदा तदनन्तरं लस्य इत्यनेन लकारस्य स्थाने तिबादेः आगच्छति. तदा तिङ्क्षित् सर्वधातुकम् इत्यनेन तिङ् प्रत्ययः सर्वधातुकत्वात् शपविधानम् अपि भवति. यावत् सार्वधातुकसंज्ञकप्रत्ययः न आगच्छेत् तावत् कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति. यदि अस्माकं विवक्षा लटि लोटि लङि विदुर्लिङि नास्ति चेत् अत्र लकारस्य यथा धातोः परः लटः लकारस्य विधानं भवति तस्मिन्नेव सोपाने लकारनिमित्तिकविवरणप्रत्ययः अपि आगच्छति. अतः आर्थधातुकप्रत्ययः प्रत्ययस्य कर्तरिषप् इत्यस्य निमित्तम् अत्र नास्ति. अतः कर्तरिषप् इत्यस्य प्रसक्तिः अपि न भवति. शप् च शपं प्रपाद्य अन्ये विवरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः शप् च तत् न बुद्धम्. शब्च शबं प्रपाद्य अन्यविकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः शबं प्रपाद्य अन्यविकरणप्रत्ययः इत्युक्ते अन्ये गणविकरणप्रत्ययः एव खलु सार्वधातुकसंज्ञकः प्रत्ययः विद्यते इति.
सरलमेव. शप् अथवा शपं प्रबाध्य अन्ये विकरणाः कदा आयान्ति? कर्तरि शप् इति सूत्रस्य कार्यक्षेत्रं किम्? कर्तरि शप् सूत्रं कदा कार्यं करोति, कुत्र कार्यं करोति इति प्रश्ने सति. कदा कार्यं करोति? यदा धातोः परं सार्वधातुकसंज्ञकः कर्तृधकप्रत्ययः अस्ति चेदेव शप् विहितः भवति. शप् विहितः भवति चेत् तदा गणचिन्तनं करणीयं. सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये विकरणाः आयान्ति. कदा? यदा धातोः परं सार्वधातुकसंज्ञकप्रत्ययः विद्यते खलु. वदतु.
यदा कर्तृत्र सार्वधातुकप्रत्ययस्य विवक्षा अस्ति चेत् तत्र शपस्य निमित्तम् अस्ति. अतः इदानीं शपस्य शप् विवरणप्रत्ययस्य प्राप्तिः अस्ति. परन्तु अत्र गणचिन्तनम् अपेक्षिकम्. अतः गणम् अनुसृत्य शपं प्रपाद्य अन्ये विकरणप्रत्ययः अपि अत्र आगच्छति. सर्वधातुकसंज्ञकप्रत्ययः विद्यते. तत् कुत्र भवति इत्युक्ते लटि लोटि लिङि विदुर्लिङि एव गणच अपि च शत्रुशानच कृत्प्रत्ययोः अपि भवति.
आम्, सार्वधातुकप्रक्रियायां तिङ् शप् इत्यनयोः परस्पर आश्रयः अस्ति. तिङ् शप् इत्यनयोः परस्पर आश्रयः अस्ति इत्युक्ते तिङ् आदौ आयाति चेदेव शप् प्रत्ययः आगन्तुं शक्नोति सार्वधातुकप्रक्रियायां. किमर्थं चेत् तिङ् प्रत्ययः सार्वधातुकसंज्ञकः अपि च कर्तृर्थकः. अतः तिङ् प्रत्ययं निमित्तीकृत्य शप् आयाति. तिङ् प्रत्ययः न आयाति चेत् शप् आगन्तुं न शक्नोति. न केवलं तिङन्तानां प्रसङ्गे, कृदन्तानां प्रसङ्गे अपि तादृशं कार्यमेव भवति. अत्र कृत् प्रत्ययद्वयं दत्तमस्ति. न केवलं तिङन्तानां प्रसङ्गे, सार्वधातुककृत् प्रत्ययानां प्रसङ्गे अपि आदौ शप् आयाति. तदनन्तरं धातुगणम् अनुसृत्य कृत् प्रत्ययानां प्रसङ्गे अपि शपं प्रबाध्य सः धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण तत्तत् गणीयगणविकरणप्रत्ययाः आयान्ति. शत्रुषाणचोः प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. भवती वदतु, शत्रुप्रत्ययः कीदृशः?
शत्रुप्रत्ययः कृत् प्रत्ययः अस्ति. षित् अपि अस्ति.
षित्वात्
षित्वात् इदानीं सार्वधातुकमस्ति. तिङ्क्षित् सार्वधातुकम्. अतः इदानीं सार्वधातुकप्रत्यय प्रक्रियायाः निमित्तमस्ति. यदि शत्रुशाञ्जौ लकारस्य स्थाने तस्मिन् समये गणविकरणप्रत्ययः न आगच्छति अत्र शत्रुशाञ्जौ विवक्षा अस्ति चेत्. तदपि आगच्छति खलु सार्वधातुकः अस्ति चेत्.
शत्रुशाणचोः प्रसङ्गे अपि शत्रुशाणच् प्रत्ययद्वयं कीदृशं, तयोः स्वभावः कीदृशः? तौ द्वौ प्रत्ययौ षित्वात् सार्वधातुकसंज्ञकौ. शत्रुप्रत्ययः शाणच् प्रत्ययः षित्वात्. तत्र शकारः इति संज्ञकः खलु, लशक्व तदिते इत्यनेन तस्य इति संज्ञा भवति खलु. अतः शित्वात् सार्वधातुकसंज्ञकः, तिंशित् सार्वधातुकं सूत्रेण शत्रुप्रत्ययः शाणच् प्रत्ययः सार्वधातुकसंज्ञकः शित्वात्. एकं निमित्तं पूरितं. द्वितीयं निमित्तं किं? सः प्रत्ययः कर्तृर्धकप्रत्ययः. कथं ज्ञायते? कर्तरीकृत् इति एकं सूत्रमस्ति. कर्तरीकृत् इति सूत्रेण सामान्यतया कृत् प्रत्ययाः कर्तृर्धकाः भवन्ति, किन्तु तत्रापि अपवादाः सन्ति. सामान्यतया कर्तरीकृत् सूत्रेण कृत् प्रत्ययाः कर्तृर्धकाः भवन्ति, किन्तु कर्मार्थकप्रत्ययः क्थप्रत्ययः. कृत् अस्ति चेदपि कर्मार्थकप्रत्ययः कर्तरीकृत् सूत्रस्य कृते अपवादाः सन्ति. शत्रुप्रत्ययः शाणच् प्रत्ययः, एतत् प्रत्ययद्वयं शित्वात् सार्वधातुकसंज्ञकौ अपि च कर्तृर्धकप्रत्ययौ, एतौ द्वौ. अतः तयोः प्रसङ्गे, तयोः रूपसाधनवेलायाम् अपि कर्तरिषप् सूत्रस्य कृते निमित्तानि पूरितानि सन्ति इति कारणतः कर्तरिषप् सूत्रेण तत्रापि शप् आदौ आयाति, पश्चात् गणम् अनुसृत्य तत्तद्गणीयविकरणप्रत्ययाः शपं प्रबाध्य आयान्ति. उदाहरणार्थं चिन्तनं कुर्मः. पठत् इति प्रातिपदिकम् अस्ति. पठत् इति प्रातिपदिकं शत्रन्तप्रातिपदिकं. पठ् धातुः परस्मैपदी धातुः, अतः परस्मैपदीधातूनां प्रसङ्गे शत्रन्तरूपाणि सिद्ध्यन्ति. पठत् इति रूपसाधनवेलायां किं भवति, किञ्चित् वदतु.
पठ् इति धातुः अस्ति, इदानीं शत्रुप्रत्ययः अस्ति अत् इति. पठ् योगः अत्,
अत् कथम् आयाति?
तत्र शत्रुप्रत्ययः अस्ति, तदत्र शकारस्य लशक्वद्यद्विदे इत्यनेन इत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं ऋकारः उपदेशे अचानुनासिकैत् इत्यनेन तस्यापि लोपः भवति, इत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं अत् इति अवशिष्यते. अत्र पुनः पठ् योगः आयोगः अत् इति अस्ति.
प्रथमसोपाने पठ् इति धातुः अस्ति. शत्रुप्रत्ययं योजयामः. पठ् योगः शत्र, शत्र इत्यस्य अवशिष्टभागः अत् अस्ति. पठ् योगः अत् इति स्थितिः अस्ति, वदतु.
इदानीं मध्ये व्यवधानम् अस्ति इति कृत्वा
शत्रुप्रत्ययः कीदृशः? अत्र शत्रुप्रत्ययं निमित्तीकृत्य शपायति. पठ् धातुः अस्ति. पठ् धातोः परं शत्रुप्रत्ययं योजयामः. पठ् योगः शत्रु इति स्थितिः अस्ति. शत्रुप्रत्ययस्य अनुबन्धलोपानन्तरम् अत् अवशिष्यते, तेन पठ् योगः अत् इति स्थितिः अस्ति. अत्र अत् इति प्रत्ययः कीदृशः? कर्त्रर्धकप्रत्ययः, सार्वधातुकसंज्ञकः. अतः कर्तरीषप् सूत्रस्य कृते निमित्तद्वयं पूरितमस्ति. अतः शत्रुप्रत्ययं निमित्तीकृत्य पठ् धातोः अनन्तरं कर्तरीषप् सूत्रेण शपायाति इति कृत्वा पठ् योगः शप् योगः अत् इति स्थितिः अस्ति. पठ्ययोगः शप् योगः अत् अस्ति. शप् इत्यस्मात् अनुबन्धलोपे सति अकारः अवशिष्यते. पठ्ययोगः आयोगः अत् इति स्थितिः अस्ति. अत्र शप् आनयनस्य कारणं किं? शप् आगमनस्य निमित्तमस्ति शत्रुप्रत्ययः. शत्रुप्रत्ययः सार्वधातुकः अपि च कर्त्रार्थकः. अतः शत्रुप्रत्ययं निमित्तीकृत्य पठ् धातोः परं कर्तरि सार्वधातुके इति लिखितमस्ति इति कारणतः कर्तरि शप् सूत्रेण शपायाति. पठ्ययोगः शप् योगः अत्, तस्मात् परं पठ्ययोगः आयोगः अत् इति स्थितिः अस्ति, वदतु.
अत्र शप् शप् प्रत्ययस्य निमित्तम् अस्ति कर्तरि सर्वधातुके इति. अतः इदानीं पठ् योगः आयोगः अत् इति अस्ति. तत्र अकारे परे अकारः अस्ति. पूर्वप्रयोः एकः अकारः एव तिष्ठति, अतः पठत् इति रूपम् आगच्छति.
इतोपि जानाति वा? तत्र इतोपि किं सूत्रमस्ति? सन्धिसूत्रं वदतु.
पठत् इत्यत्र एनि पररूपम् अथवा अमि पूर्वः
वा?
अतोगुणे इति सूत्रमस्ति. तत्र किं भवति? तत्र सवर्णदीर्घसन्धि प्रसक्तिः न भवति. तत्र पूर्वपुरोः एकरूपपूर्वादेश पूर्वरूप एकादेश
पूर्वरूप
एकादेश भवति. तत्र परे तिङ् भवेत्, तिङ् प्रत्ययः भवेत्. तदेव निमित्तम्।
अहं किञ्चित् वदामि, इच्छन्ति चेत् सोपानानि लिखन्तु, किञ्चित् स्पष्टता भवति। अत्र पाठ्ययोगः आयोगः अत् इति स्थितिः अस्ति, पठायोगः अत् इति स्थितिः अस्ति। पठ इत्यत्र अकारः अस्ति, पठ इति पदं नास्ति, अपदान्त अकारः अस्ति, अत् इत्यत्र अकारः अस्ति। सः अकारः कीदृशः? गुणसंज्ञकवर्णः। गुणसंज्ञकवर्णाः के इति प्रश्ने सति अदेङ्गुणः इति सूत्रमस्ति, अदेङ्गुणः इति संज्ञासूत्रमस्ति, अकारः गुणसंज्ञकवर्णः अस्ति। पठ इति रूपं कथमागतं? पठ् धातुतः शप् इत्यस्मात् अकारः आगतः, तेन पठ इति अङ्गमस्ति, पठ इति अङ्गमस्ति, किन्तु पदं नास्ति। अपदान्त अकारे परे, ह्रस्व अकारे परे गुणसंज्ञकवर्णः अस्ति चेत् तदा पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति इति अतो गुणे इति सूत्रेण भवति। सवर्णदीर्घसन्धिकार्यं भवति चेत् पठात् इति रूपं सिद्ध्यति, तत्तु अनिष्टं रूपं, तत्र अतो गुणे इति सूत्रेण पररूपादेशः भवति पूर्वपरयोः स्थाने इति वार्ता। अतो गुणे सूत्रेण पररूपादेशः भूत्वा पठत् इति प्रातिपदिकं सिद्ध्यति। शत्रन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति। पुंलिङ्गे पठन् प्रथमाविभक्ति एकवचनरूपं, स्त्रीलिङ्गे पठन्ती, नपुंसकलिङ्गे पठत्। शत्रन्तरूपाणि अपि त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु सम्भवन्ति। आहत्य अत्र अस्माकं वार्ताक शत्रुप्रत्ययः कर्तरर्धकः कर्तरीकृत् सूत्रेण, अपि च तिङ्क्षित् सार्वधातुकं सूत्रेण, शित्वात् सार्वधातुकसंज्ञकः। अतः शत्रुप्रत्ययस्य योजनेन रूपं साधयितुमिच्छामश्चेत् तस्मिन् अवसरे अपि कर्तरीशप् सूत्रेण शप् आयाति। उदाहरणार्थं दा धातुः जुहोत्यादिगणे अस्ति, जुहोत्यादिगणे अस्ति चेत् जुहोत्यादिभ्यः श्लुः इति सूत्रेण तत्र कार्यं भवति। आहत्य धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण यदा शप् आयाति तदा एव शपं प्रबाध्य अन्ये विकरणाः आयान्ति। शत्रन्तरूपाणां प्रसङ्गे अपि, षाणजन्तरूपाणां प्रसङ्गे अपि एवमेव कार्यं भवति। भगिनी भवती वदतु, वन्दमान इति रूपम् अस्ति चेत् तत्र किं किं भवति?
अत्र वन्दमान इत्यत्र शानच् प्रत्ययः अस्ति, वन्द धातुः अस्ति, पुरतः शानच् प्रत्ययः, शानच् प्रत्ययस्य दशको तत्यते इत्यनेन शकारस्य संज्ञा भूत्वा तस्य लोपः भवति। इदानीं शानच् चकारः हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा लोपः भवति, आना इति अवशिष्यते। इदानीं वन्दयोगः वन्द इति धातु भवादिगणे अस्ति वा? कस्मिन् गणे अस्ति?
भवादिगणे अस्ति।
भुवादिगणे अस्ति इति चेत् कर्तरि सर्वधातुके इत्यनेन इदानीं कर्तृत्र कर्तृ अर्थ विवक्षा अस्ति अस्ति इति कृत्वा अकारः भुवादिगणस्य विकरणप्रत्ययः वन्द धातोः पुरतः आगच्छति। वन्द योगः आयोगः अना इति अस्ति। इदानीम् आने मुक् इति सूत्रेण अकारस्य स्थाने मुक् आदेशः भवति खलु?
स्थाने इति नास्ति, आगमः, मित्रवत् आगमः, शत्रुवत् आदेशः,
आगमः अस्ति इति कृत्वा प्रत्ययस्य आदौ भवति, शानस् प्रत्ययस्य आदौ भवति। मुक् इति कित् अस्ति इति कृत्वा अयम् आगमः प्रत्ययस्य आदौ भवति। इदानीं
तित् आगमाः एव आदौ आयन्ति, कित् आगमाः सन्ति चेत् आद्यन्तौ टकितौ इति सूत्रेण कित् आगमाः कुत्र आयन्ति? अङ्गस्य अन्ते आयन्ति,
अङ्गस्य अन्ते। इदानीम् अङ्गम् अस्ति वन्दा इति, वन्दायोगः मायोगः आना वन्दमान।
शत्रुप्रत्ययः शाणच् प्रत्ययः वर्तमानकालार्थे भवतः, वर्तमाने लट् इति सूत्रेण लट् लकारप्रत्ययः विहितः भवति। एवमेव शत्रुप्रत्ययः शाणच् प्रत्ययः अपि वर्तमानकालार्थे एव
विहितः भवति।
वन्द् धातुतः शाणच् प्रत्ययं योजयामश्चेत् तत्र वर्तमानकालार्थे एव शाणच् प्रत्ययः विहितः भवति. वर्तमाने लट् इति सूत्रेण वर्तमानकालार्थे आयाति, किन्तु शाणच् प्रत्ययस्य कृते विधायकसूत्रमस्ति. शत्रुशाणचाव प्रथमा समानाधिकरणे इति सूत्रमस्ति, तेन सूत्रेण शाणच् प्रत्ययः विहितः भवति. वन्दियोगः शाणच् इति स्थितिः अस्ति. शाणच् प्रत्ययः कीदृशः? शाणच् प्रत्ययः कर्त्रर्थकः अपि च सार्वधातुकसंज्ञकः, अतः कर्तरिषप् सूत्रस्य कृते निमित्तानि पूरितानि. वन्द् धातुना कर्तर्धक सार्वधातुक शाणच् प्रत्ययः दृश्यते, अतः कर्तरिषप् आगन्तुं शक्नोति. कर्तर्धक सार्वधातुक शाणच् प्रत्ययं निमित्तीकृत्य तत्र शप् प्रत्ययः कर्तरिषप् सूत्रेण आयाति, अतः वन्द् योगः शप् योगः शाणच् इति स्थितिः अस्ति. अनुबन्धलोपे सति वन्द् योगः आयोगः आन, तत्र वन्द योगः आन इति स्थितिः अस्ति. तत्र आने मुक् सूत्रेण मुक् आगमः भवति, इत्युक्ते मकारः आयाति. मुक् आगमः कित् अस्ति, कित् आगमाः अन्ते आयान्ति, टित् आगमाः आदौ आयान्ति, मित् आगमाः अन्तिम अचुवर्णस्य अनन्तरम् आयान्ति मित् आगमाः. अत्र तु कित् आगमः अस्ति, अतः अङ्गस्य अन्ते आयान्ति. तत्र वन्द् योगः आ वन्द इति अस्ति, तस्य अनन्तरं मुक् आगमः भवति. मुक् इत्यत्र ककारः इति संज्ञकः, उकारः इति संज्ञकः, मकारः एव अवशिष्यते, अतः वन्द योगः मकारः योगः आन वर्णमेलनेन वन्दमान. अपि च लटः शत्रशाणचाव प्रथमासमानाधिकरणे इति विधायकसूत्रेण शत्रप्रत्ययः शाणच् प्रत्ययः च भवतः. लटः शत्रशाणचाव प्रथमासमानाधिकरणे सूत्रे अप्रथमासमानाधिकरणे इति लिखितम् अस्ति, इत्युक्ते प्रथमाभिन्नविभक्तिषु एव तस्य कार्यमस्ति, इत्युक्ते द्वितीया तृतीयादिषु तस्य कार्यं भवति. अप्रथमान्तेन समानाधिकरण्ये सति एतौ भवतः. तस्मिन् प्रसङ्गे इदानीं चिन्ता मास्तु, अग्रे शत्रन्तरूपसिद्धौ वयं स्पष्टतया अवगन्तुं शक्नुमः. कर्तरिकृत् सूत्रेण आधिक्येन कृत् प्रत्ययाः कर्तरर्थकाः भवन्ति. अग्रे शत्रुशाणचोः प्रसङ्गे किञ्चित् दत्तमस्ति, तं भागं पठित्वा चिन्तनं कुर्मः. नरेश महोदय, भवान् पठतु.
शत्रुशाणचो लस्य इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति शत्वात्. शत्रिप्रत्ययः च शानत् प्रत्ययः च लट् अस्य स्थाने भवतः लट् लटः. शत्रिशानच प्रथमा समानाधिकरणे इत्यनेन अपि शत्रिशानचोः सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विधीयते. शत्रिशानचोः लस्य इति सूत्रं विना सार्वधातुकं संज्ञात् साक्षात् भवति शत्वात्.
इदं वाक्यं बहु मुख्यम् अस्ति. शत्रुशाणचोः लस्य सूत्रं विना इति मुख्या वार्ता. तिङन्तरूपसाधनवेलायां किम् अभवत्? तत्र लकारम् अनुसृत्य लस्य इति सूत्रेण तिङ् प्रत्ययाः आयान्ति. तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति इति कारणतः तत्र कर्तरिष्यप् आगन्तुं शक्नोति, किन्तु शत्रुशाणचोः प्रसङ्गे लस्य सूत्रं विना सार्वधातुकसंज्ञा भवति तयोः. किमर्थं चेत् शित्वात् सार्वधातुकसंज्ञा, साक्षात् शित्वम् अस्ति इति कारणतः लस्य सूत्रं विना द्वयोः प्रसङ्गे सार्वधातुकसंज्ञा दीयते तयोः शित्वकारणात्. वदतु.
अत्र अन्यथा तु लस्य सूत्रं प्रथम आगते, तदुपरान्त तिङ् प्रत्यय आगतः. तिङ् प्रत्ययस्य कृते सार्वधातुक भवति, अपि च कर्तरि शप् आगतः. परन्तु अत्र शत्रिशाणच तत्र षत् भवति, अतः तत् सार्वधातुकम् अस्ति, लस्य विना तत्र सार्वधातुकं भवति, कर्तरि शप् आयाति.
षित्वात् सार्वधातुकत्वम् अपि च कर्तृकप्रत्ययौ, अतः कर्तरि शप् आगन्तुं शक्नोति. वदतु.
शत्रि प्रत्ययः अपि च शानच् प्रत्ययः लट् लकारस्य स्थाने भवतः लटः अधिकारणे अहं न वक्तुं शक्नोमि.
सार्वधातुककृदन्तानाम् उदाहरणम् अत्र दत्तमस्ति. पूर्वं सार्वधातुकतिङन्तानां रूपसिद्धौ कर्तरि शप् कथम् आयाति इति पूर्वं पठितं पूर्वस्मिन् परिच्छेदे. अस्मिन् परिच्छेदे शत्रुषाणच् प्रत्ययौ सार्वधातुकसंज्ञकौ भवतः षित्वकारणात् अपि च कर्तार्थकप्रत्ययौ, अतः कर्तरिषप् सूत्रस्य कृते निमित्तानि पूरितानि सन्ति. किन्तु अत्र भेदः कः? सार्वधातुकतिङन्तानां प्रसङ्गे सार्वधातुककृदन्तानां प्रसङ्गे भेदः कः इति प्रश्ने सति अत्र लस्य सूत्रं विना तेषां सार्वधातुकसंज्ञा भवति साक्षात् षित्वात् इति एका वार्ता. शत्रुषाणचौ द्वयोः प्रसङ्गे विधायकसूत्रमस्ति. लटः शत्रुषाणचाव प्रथमा समानाधिकरणे इति सूत्रेण शत्रुप्रत्ययः शाणच् प्रत्ययः च विहितः. अन्यवार्ता का इत्युक्ते वर्तमानकालार्थे एव शत्रुप्रत्ययः अपि च शाणच् प्रत्ययः विहितः भवति. परस्मैपदीधातूनां प्रसङ्गे शत्रुप्रत्ययः आयाति. आत्मनेपदीधातूनां प्रसङ्गे शाणच् प्रत्ययः आयाति. शाणच् प्रत्ययस्य प्रसङ्गे कर्तरि शाणच् अस्ति, कर्मणि शाणच् अपि अस्ति. सर्वेषां धातूनां प्रसङ्गे कर्मणि शाणच् भवति. शाणच् प्रत्ययः आत्मनेपदीधातूनां प्रसङ्गे भवति, किन्तु कर्तरि शाणच् अस्ति, कर्मणि शाणच् अपि अस्ति. विशेषतया कर्मणि शाणच् प्रसङ्गे चिन्तनं कुर्मः चेत् सर्वेषां धातूनां प्रसङ्गे कर्मणि शाणच् सम्भवति. वन्दमान इति कर्तरि शाणच्, वन्द्यमान इति कर्मणि शाणच्, एवमेव पठ्यमान इति कर्मणि शाणच्. पठ्धातुः परस्मैपदीधातुः, किन्तु पठ्धातोः प्रसङ्गे अपि कर्मणि शाणच् सम्भवति. पठ्यमानं, पठ्यमानं पुस्तकम् इति रूपं भवति. आहत्यत्र सारांशः कः? अस्मिन् परिच्छेदे किमस्ति? सुन्दरमहोदय वदतु.
अस्मिन् परिच्छेदे अत्र शत्रुषाणच् प्रत्यय विषये यत्र षित्वात् शत्रुषाणच् प्रत्ययद्वयमपि षित् प्रत्ययः अस्ति. षकारस्य इत्संज्ञा भवति इति कारणेन षित्वम् अस्ति तत्र इति इति कारणेन तत्र शप् कर्तृ निमित्तं निमित्तानि पूरितानि अस्ति पूरितानि तस्मात् कारणात् शप् प्रत्ययः तत्र विहितः. लट् लकारस्य स्थाने शत्रुप्रत्ययस्य च शाणप्रत्ययश्च लट् लकारस्य स्थाने भवतः तत्कारणात् लटः शत्रुषाणच अव शाणचाव अव प्रथमा समानाधिकरणे इति अनेन सूत्रेण अत्र अत्रापि शत्रुषाणचोः सार्वधातुकत्वात् कर्तरि शप् इति सूत्रेण शप् विधीयते. अत्र शत्रुषाण प्रत्ययौ षित्वात् सार्वधातुकप्रत्ययः इति कारणेन अत्रापि कर्तरि शप् इति सूत्रेण शप् प्रत्ययः विधीयते. तस्मात् कारणात् पठ् धातोः उदाहरणं स्वीकृत्य पठ् योगे शप् योगे शाणच् यदि यदि वयं पठ् ओके कर्मणि एव ओके शत्रुप्रत्ययः ओके शत्रु स्वीकुर्मश्चेत् पठ् योगे शप् योगे
सोपानेन वदतु. पठ् योगः शत्रु
पठ् योग ओके पट् योगे शत्र तदनन्तरं शित्वात् शित्वात् सः सार्वधातुकसंज्ञा भवति तत्कारणेन शप् प्रत्ययः विहितः पठ् योगे शप् योगे पठ् योगे शत् योगे शत्र शत्र इति अस्ति तदनन्तरं पठ् योगे शकारस्य इत्संज्ञं लशक्वदधिते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति पकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति एव अवशिष्यते तत्रापि शत्रुप्रत्ययस्य शकारः अपि लशक्वदधिते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति तदनन्तरं ऋकारस्य अपि हलन्त्यम् इति उपदेशजननासिक इति सूत्रेण ऋकारस्य अपि लोपः भवति अत् एव अवशिष्यते तदनन्तरम् अत् अवशिष्यते अधुना पठ् योगे अ योगे अत् भवति पठ योगे पठ इति अङ्गं भवति अदन्तम् अङ्गं पठ योगे अत् भवति तदनन्तरं पठोत्तरं पठ योगे अत् नकार पठ योगे अत् भवति तदनन्तरं अतोगुणे इति सूत्रेण पूर्वपरयोः स्थाने पूर्वपरयोः स्थाने पररूपं भवति तत्कारणेन पठ यो पठ योगे अत् न न पठ योगे अत् भवति पठत् इति अन्तिमं रूपं सिद्ध्यति
शत्रन्तरूपस्य प्रसङ्गे भवान् उक्तवान् शाणचिरूपप्रसङ्गे भगिनी उक्तवती इदानीं कर्मणि शाणच प्रसङ्गे किं भवति इति एकवारं चिन्तनं कुर्मः कर्तरि शाणच् अस्ति कर्मणि शाणच् अस्ति सर्वेषां धातूनां प्रसङ्गे कर्मणि शाणच् रूपं सम्भवति न केवलम् आत्मनेपदिधातूनां परस्मैपदिधातूनां प्रसङ्गे अपि सर्वेषां धातूनां प्रसङ्गे कर्मणि शाणच् रूपं सम्भवति उदाहरणार्थं वन्द्यमान अथवा पठ्यमान इत्यत्र रूपं कथं सिद्ध्यति इति एकवारं चिन्तनं कुर्मः चेत् वन्द्यमान इत्यत्र वन्द् इति धातुः अस्ति वन्द् धातोः परं शाणच् प्रत्ययं योजयामः कर्मणि शाणच् अस्ति इति कारणतः तत्र सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति वन्द्यमान इत्यत्र शाणच् प्रत्ययः अस्ति तत्र अनुबन्धलोपे सति आन अवशिष्यते सः आनप्रत्ययः यद्यपि सार्वधातुकः किन्तु कर्त्रर्थे नास्ति इत्युक्ते वन्द्यमान इत्यस्मिन् पदे शाणच् प्रत्ययः अस्ति शाणच् प्रत्ययः शित्वात् सार्वधातुकः एव किन्तु तत्र कर्मणि शाणच् अस्ति इति कारणतः यक् प्रत्ययः मध्ये आयाति तत्र शाणच् प्रत्ययः कर्त्रर्थे नास्ति कर्मार्थे अस्ति धातुः सकर्मकः अस्ति चेत् कर्मार्थे भवति अकर्मकधातुः अस्ति चेत् भावार्थे भवति धातुः सकर्मकधातुः अस्ति चेत् कर्मार्थे यक् प्रत्ययः विहितः भवति धातुः अकर्मकधातुः अस्ति चेत् भावार्थे सार्वधातुके यक् इति सूत्रेण मध्ये यक् प्रत्ययः अस्ति शाणच् प्रत्ययः सार्वधातुकः चेदपि कर्त्रर्थे नास्ति इति कारणतः तत्र निमित्तानि न पूरितानि अतः कर्तरि शप् सूत्रेण शप् आगन्तुं न शक्नोति कर्मणि शाणच् प्रसङ्गे अतः तत्र रूपं किं भवति वन्द् योगः यक् योगः आन इति स्थितिः अस्ति यक् इत्यत्र ककारः इति संज्ञकः या एव शिष्यते वन्द् योगः या योगः आन इति स्थितिः अस्ति तत्र वन्द् योगः या इति कथनेन वन्द्य इति रूपं सिद्ध्यति वन्द्ययोगः आन इति स्थितिः अस्ति तत्रापि आनेमुक् इति सूत्रेण मुक् आगमः भवति आनेमुक् सूत्रे किमुच्यते ह्रस्व अकारान्तम् अङ्गमस्ति चेत् अदन्तमङ्गमस्ति चेत् आनप्रत्यये परे मुक् आगमः भवति. अदन्तमङ्गमस्ति चेत् आनप्रत्यये परे मुक् आगमः भवति. मुक् कित् अस्ति इति कारणतः अङ्गस्य अन्ते आयाति. तत्र अङ्गं किं? वन्द्ययोगः यक् इत्यत्र वन्द्य इति अङ्गमस्ति. वन्द्य इत्यत्रापि ह्रस्वकारान्तम् अदन्तम् अङ्गमस्ति इति कारणतः आनिमुक् सूत्रेण मुक् आगमः भूत्वा वन्द्यमान इति रूपं सिध्यति. इत्युक्ते कर्तरि प्रयोगे एव शप् विहितः भवति, न तु कर्मणि प्रयोगे. कर्मणि प्रयोगे शप् न आयाति. कर्तरि षाणच् प्रसङ्गे शप् आयाति, किन्तु कर्मणि षाणच् प्रसङ्गे शप् न विहितः भवति. अस्मिन् परिच्छेदे शत्रुषाणचोः प्रसङ्गे विधायकसूत्रं दत्तमस्ति. लटः शत्रुषाणचाव प्रथमा समानाधिकरणे. अस्मिन् प्रसङ्गे व्याकरणे समानाधिकरण्यम् इति एकः विषयः अस्ति. यत्र यत्र विशेषणविशेष्यभावः सम्भवति तत्र समानाधिकरण्यं वर्तते. समानम् अधिकरणं यत्र अस्ति तत्र समानाधिकरण्यं. समानाधिकरणस्य भावः समानाधिकरण्यं श्यै प्रत्ययः. समानाधिकरणम् इत्यस्य भावः एव समानाधिकरण्यम्. यत्र यत्र समानम् अधिकरणमस्ति तत्र विशेषणविशेष्यभावः अपि भवति, अपि च समानाधिकरण्यमपि. शत्रन्तरूपाणि परिशीलयामश्चेत् तत्र किं भवति? पठन्तं रामं पश्यामि इति वाक्यमस्ति चेत् पठन्तं रामं, बालकः पठन् खादति, बालकः पठन् खादति इति वाक्यं स्वीकुर्मः चेत् तत्र बालकः पठन् द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. तत्र अधिकरणं समानं, बालकः एव अधिकरणमस्ति. बालकः अपि च पठन् द्वयोर्मध्ये समानाधिकरण्यं वर्तते. समानम् अधिकरणं तत्र अस्ति. यत्र यत्र समानम् अधिकरणमस्ति तत्र लिङ्गं वचनं विभक्तिः च समानमस्ति. इत्युक्ते बालकः इति पुंलिङ्गं, पठन् अपि पुंलिङ्गं, बालकः इति एकवचनं, पठन् अपि एकवचनं, बालकः इति प्रथमाविभक्तिः, पठन् अपि प्रथमाविभक्तिः. इत्युक्ते बालकः पठन् खादति इत्यत्र बालकः अपि च पठन् द्वयोर्मध्ये समानाधिकरण्यं वर्तते. विशेषणविशेष्यभावः वर्तते. समानम् अधिकरणमस्ति इति कारणतः तत्र समानाधिकरण्यमस्ति. बालकः पठन् अनयोर्मध्ये. पठन्तं बालकं पश्यामि इत्यत्र पठन्तं बालकं द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति, समानाधिकरण्यं वर्तते. अत्र सूत्रे किमुक्तमस्ति? अप्रथमासमानाधिकरणे इति उक्तमस्ति. शत्रुप्रत्ययस्य विधायकसूत्रे लटः इत्युक्ते वर्तमानकालार्धे शत्रुप्रत्ययः शाणच् प्रत्ययः च विहितः भवति इति अर्थः लटः इति कथनेन. सूत्रस्य पदविच्छेदं कुर्मः चेत् शत्रुषाणचौ अप्रथमासमानाधिकरणे इति उक्तमस्ति. इत्युक्ते प्रथमाभिन्नविभक्तेः विवक्षा अस्ति चेदेव.
प्रथमाभिन्न इति कथनेन पठन् बालकः इति न आयाति किल? प्रथमाभिन्न अधिकरणे किमर्थम्?
प्रथमाभिन्नविभक्तेः विवक्षा, द्वितीया विभक्तिः, तृतीया विभक्तिः इत्यादयः, तेषां विवक्षा अस्ति चेदेव अयम् आदेशः भवति इति सूत्रेण उच्यते. आहत्य एतावत्पर्यन्तं सारांशरूपेण किं वक्तव्यं? न केवलं सार्वधातुककर्त्रर्थकतिङ्प्रत्ययानां विषये, सार्वधातुककर्त्रर्थककृदन्तानां विषये अपि कर्तरिषप् सूत्रस्य अवसरः अस्ति. किमर्थं चेत् तत्र निमित्तद्वयं पूरितमस्ति. कर्तरि सार्वधातुके इति निमित्तं पूरितमस्ति इति कारणतः कृदन्तानां प्रसङ्गे अपि कर्तरि शप् आयाति. गणमनुसृत्य शपं प्रबाध्य अन्ये विकरणाः अपवादत्वेन अपवादसूत्रैः आयान्ति. एतावत्पर्यन्तं सार्वधातुकप्रक्रियायां किं भवति इति परिशीलितम्. इदानीम् आर्धधातुकचिन्तनम्. आर्धधातुकप्रक्रियायां सोपानानि कानि इति पठनीयम्. अर्धधातुकप्रक्रियायां मार्गद्वयमस्ति. इत्युक्ते मातृभिः यः मार्गः उक्तः सः भिन्नः, सिद्धान्तकौमुदीकारेण यः मार्गः उक्तः सः भिन्नः. अत्र मार्गद्वयं वर्तते. पुष्पादीक्षितमातॄणां मार्गः भिन्नः. भट्टोजीदीक्षितमहोदयेन या प्रक्रिया दृश्यते सा प्रक्रिया भिन्ना अस्ति अर्धधातुकप्रक्रियायां. पूर्वम् अस्मिन्नेव करपत्रे उपरितनभागे वयं यत् पठितवन्तः सः मार्गः मातृभिः कृतः. सिद्धान्तकौमुद्याम् अर्धधातुकप्रक्रियायाः चिन्तनं कथं भवति इति अत्र इदानीं दत्तमस्ति. अत्र मुख्यविषयः कः? एतावत्पर्यन्तम् अर्धधातुकप्रक्रियायाः प्रसङ्गे सोपानानि कानि, किं किं भवति इति वयं पठितवन्तः. तदेव स्मर्तव्यं. किमर्थं चेत् तेन सौलभ्यम् अस्ति, तत्र मार्गे लघुत्वम् अस्ति. सिद्धान्तकौमुदी मार्गे दीर्घत्वं, सार्वधातुकप्रक्रियायाः प्रसङ्गे सिद्धान्तकौमुदी मार्गः अथवा कौमुदीकारमार्गः अपि च मातृभिः यः मार्गः कृतः द्वयोर्मध्ये भेदः नास्ति. किन्तु अर्धधातुकप्रक्रियायां मार्गद्वयम् उक्तमस्ति. सिद्धान्तकौमुदीकारस्य मार्गः भिन्नः, माताजी यदुक्तवती सः मार्गः भिन्नः. किमर्थं तथा अस्ति इति अस्य शास्त्रीयचिन्तनमपि दत्तमस्ति. वीणा भगिनी भवती पठतु.
अधुना अर्धधातुकचिन्तनम्. एतावत् पर्यन्तं सार्वधातुक चिन्तनम् अभवत्, इदानीम् अर्धधातुकचिन्तनं. लृट् लकार स्वीक्रियताम्. सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति. लृट् लकारः तु अर्धधातुक अस्ति, अतः तस्य चिन्तनं कथं भवति इति अत्र अग्रे दत्तम् अस्ति.
कति अर्धधातुकलकाराः सन्ति?
अर्धधातुक षट् सन्ति, चत्वारः सार्वधातुकलकाराः सन्ति.
किमर्थं लृट् लकारः स्वीकृतः?
लृट् लकारः साक्षात् पाणिनिना एव उक्तम् अस्ति. लृट् स्यात् किम् अस्ति, स्यात् अस्ति लृल् लृटोः इति पाणिनिना एव उक्तम् अस्ति, अतः तत् अर्धधातुकम् इति अहं मन्ये.
चिन्ता मास्तु. किमर्थं चेत् लुट् लकारः अस्माकं कृते परिचितः लकारः. वयं जानीमः लुट् लकाररूपाणि जानीमः, पठिष्यति, भविष्यति, खादिष्यति इत्यादीनि रूपाणि पूर्वं जानीमः खलु, परिचितविषयः. अतः लुट् लकारः स्वीकृतः. पूर्वं लुट् लकारप्रसङ्गे वयं किं पठितवन्तः? लुट् लकारप्रसङ्गे प्रक्रियायां किं भवति?
आगच्छति मध्ये शप् कर्तरी शप् इति प्रसङ्गः एव नास्ति. स्य इति प्रत्ययः आगच्छति. तत्तु तिगन्तस्य भागम् अपि भूत्वा तस्य मध्ये पठिष्यति, भविष्यति इति तिगन्तस्य अङ्गम् एव भवति. अतः तत्र कर्तरी शप् इति प्रसक्तिः एव नास्ति. तत्र धातुः तिङ् प्रत्ययं साक्षात् न दृश्यते. स्य इति प्रत्ययः मध्ये आगच्छति, अतः तस्य कर्तृशप् इति प्रसक्तिः एव नास्ति तत्र.
स्या प्रत्ययः कस्मिन् सोपाने आयाति, विच् स्टेप्?
यदा तिङ् प्रत्ययः धातुविवक्षा अस्ति लृट् लकारस्य, तदा मध्ये स्य प्रत्ययः आगच्छति. यदा विवक्षा लृट् लकारस्य भवति तदा मध्ये स्य प्रत्ययः आगच्छति. तत्तु तिगन्तस्य अङ्गं भवति.
अस्माकं विवक्षा पट् धातुः अस्ति, लृट् लकारविवक्षा अस्ति. किमर्थं चेत् लृट् लकारः परिचितः, अतः पठ् योगः लृट् इति स्थितिः अस्ति. तत्र प्रथमे सोपाने एव लृट् लकारं निमित्तीकृत्य स्यतासि लृ लुटोः इति सूत्रेण स्या प्रत्ययः आयाति इति मुख्या वार्ता. इत्युक्ते प्रथमे सोपाने एव स्या प्रत्ययः तत्र आगत्यति, स्यतासील् रू लुटोः इति विधायकसूत्रेण तत्र आयाति. पठ् योगः स्या योगः लृट् इति स्थितिः अस्ति. प्रथमसोपाने एव स्या आगतः, तत्र पठ् योगः स्या योगः लृट् अस्ति. लृट् इत्यत्र अनुबन्धलोपे सति लकारः शिष्यते. द्वितीयसोपाने पठ् योगः स्या योगः लकारः, तत्र लस्य सूत्रेण द्वितीयसोपाने तिबादयः आयान्ति. प्रथमे सोपाने एव स्या आगतः इति कारणतः तत्र धातुना तिङ् प्रत्ययः द्रष्टुं न शक्नोति. किमर्थं चेत् मध्ये बाधकरूपेण व्यवधानरूपेण स्या प्रत्ययः आयाति इति कृत्वा धातुना तिङ् प्रत्ययः द्रष्टुं न शक्नोति. अपि च स्या प्रत्ययः अर्धधातुकः, स्या प्रत्ययः तिङ्क्षित् नास्ति, धातोः परं स्या प्रत्ययः अस्ति इति कृत्वा तत्र शप् आगन्तुं न शक्नोति. तिबादयः द्वितीयसोपाने आयान्ति इति आर्धधातुकप्रक्रियायां लृट्लकारप्रसङ्गे वयं पठितवन्तः. किन्तु अग्रिमपरिच्छेदे तस्य विपरीतक्रमेण उक्तमस्ति. सिद्धान्तकौमुद्यां भिन्नरीत्या उक्तमस्ति. पठतु.
आप् धातुः अस्ति. आप् योगे लृट् लकारः, आप् योगे ल इति अवशिष्टकारस्य संज्ञा भवति, ल एव अवशिष्यते. लस्य तृतीय अध्याये चतुर्थपादे सप्तसप्ततिः सूत्रम् अस्ति. तिप्तस्झि तिप्तस्थ मिप् वस्म त आतां झ थास् आतां ध्वम् इद्वहि महिङ् तृतीयाध्याये चतुर्थपादे अष्टसप्ततिः सूत्रम् अस्ति. इत्याभ्यां तिङ्विधानम् आप् योगे तिङ् तिंशित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदश अधिक एकशतं तिप् सार्वधातुकसंज्ञकः. कर्तर्थकश्च कर्तरि शप् विधीयते. शपं प्रभाद्य शतासि लून् रुटोः तृतीयाध्याये प्रथमपादे त्रयस्त्रिंशत् सूत्रम् अस्ति. इत्यनेन स्य विधानम् आप् योगे स्य योगेति आप्स्यति. अतः सिद्धान्तकौमुद्यां शतासि लून् रुटोः कर्तरि शप् इत्यस्य अपवादः इति दत्तम् अस्ति. लोड् लोटोः कर्तरि शप् इत्यस्य अपवादसूत्रम् एव अस्ति इति अत्र दत्तमस्ति. भवती किम् उक्तवती तथैव अस्ति. अत्र प्रथमसोपाने आप् योगे लृट्लकारः अस्ति चेत् प्रथमसोपाने एव स्य आगत्य तिष्ठति. तदनन्तरं लस्य इति सूत्रं लस्य इति अस्माकं विवक्षा अस्ति, तत् अत्र आगच्छति. किन्तु तस्य इत्संज्ञा भूत्वा केवलं ल इति अवशिष्यते. लस्य इति स्थाने सर्वे प्रत्ययाः आगच्छति. तदा आप् योगस्य योगेति इति भवति. सर्वे मिलित्वा आप्स्यति इति रूपं भवति. स्यति इति तस्य अङ्गमेव भवति. तिङन्तस्य अङ्गं तिप् प्रत्ययस्य अङ्गं भवति. अतः अन्तिमक्रियापदम् आप्स्यति इति भवति लृट्लकारे. एतत् कर्तरि शप् इत्यस्य अपवादसूत्रम् अस्ति. शतासील् रूल् रुटोः इति
प्रक्रियां पश्यन्तु. पूर्वं यद् पठितमस्ति तस्य भिन्नरूपेण अत्र उक्तमस्ति. सिद्धान्तकौमुद्यां भिन्नरीत्या सोपानानि दत्तानि. कौमुद्यां सोपानानि भिन्नरीत्या प्रदर्शितानि सन्ति. सिद्धान्तकौमुद्यां यदस्ति तदेव अस्मिन् परिच्छेदे लिखितमस्ति. आर्धधातुकप्रक्रियायाः प्रसङ्गे सिद्धान्तकौमुदीमार्गः भिन्नः. मातृभिः यः मार्गः उक्तः सः मार्गः भिन्नः. अत्र आर्धधातुकप्रक्रियायाः चिन्तनं कुर्वन्तः स्मः वयम्. अस्माकं विवक्षानुगुणम् आप् धातुं स्वीकुर्मः. विवक्षा अस्ति लृट् लकारविवक्षा. अतः आप् योगः लृट्. लृट् इत्यत्र अनुबन्धलोपे सति ला शिष्यते. लकारस्य स्थाने लस्य सूत्रेण अस्माकं विवक्षानुगुणं तत्र अष्टादशप्रत्ययाः सन्ति खलु, तेषु अन्यतमप्रत्ययः इत्युक्ते प्रथमपुरुषे एकवचनविवक्षा अस्ति इति कारणतः तिप्तस्झि इति दीर्घसूत्रेण लस्य सूत्रस्य अधिकारे प्रथमपुरुषे एकवचनविवक्षायां तिङ्गः विधानं भवति. इत्युक्ते लकारस्य स्थाने आप् धातुतः प्रथमपुरुषे एकवचनविवक्षायां प्रथमपुरुषे एकवचनप्रत्ययः तिप् प्रत्ययः विहितः भवति. अतः आप् योगः तिप् इति स्थितिः अस्ति. अयं तिप् प्रत्ययः तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञकः. अष्टादश तिङ् प्रत्ययेषु अन्यतमः. अतः तिप् प्रत्ययः सार्वधातुकसंज्ञकः अपि च कर्त्रर्थकः. अतः निमित्तद्वयं पूरितमस्ति. इदानीं शप् आगन्तुं शक्नोति. किन्तु अत्र वार्ता का? कर्तरि शप् इति सूत्रं प्रबाध्य स्यतासील् रूलुटोः इति विशिष्टसूत्रेण स्याप्रत्ययस्य विधानं भवति इति कौमुदीकारः वदति. पूर्वं यद् वयं पठितवन्तः तस्य विपरीतक्रमेण अत्र उक्तमस्ति. तस्य विपरीतचिन्तनम् अत्र दत्तमस्ति. आर्धधातुकप्रक्रियायां यानि यानि सोपानानि पूर्वम् उक्तानि अस्मिन् करपत्रे एव, तस्य विपरीतक्रमेण अस्मिन् परिच्छेदे सोपानानि उक्तानि सन्ति. कर्तरि शप् सूत्रस्य कृते निमित्तद्वयं पूरितमस्ति. शपं प्रबाध्य अपवादबलेन अपवादसूत्रेण स्यतासील् रूल् उटोः सूत्रेण स्या विधानं भवति. अतः आप् योगः ति इत्यत्र स्यतासील् रूल् उटोः सूत्रेण स्या आगत्य तिष्ठति, अतः आप्स्यति इति रूपं भवति. सिद्धान्तकौमुद्यां स्यतासील् रूल् उटोः इति सूत्रं कर्तरे शप् सूत्रस्य कृते अपवादसूत्रम् इति उक्तमस्ति. किन्तु माताजी चिन्तनं भिन्नम् अस्ति. माताजी किं वदति? तत्र शास्त्रीयचिन्तनं किम्? स्यतासील् रूल् उटोः इति एकं सूत्रमस्ति, कर्तरे शप् सूत्रमपि अस्ति. किमर्थं स्यतासील् रूल् उटोः सूत्रम् अपवादसूत्रम् इति उक्तमस्ति इति प्रश्नः उदेति. तस्य कृते किञ्चित् चिन्तनम् अस्ति, शास्त्रीयचिन्तनं. तत् किम् इत्युक्ते, यत्र कुत्रापि द्वयोः सूत्रयोः प्रसक्तिः एकत्र भवति चेत् तदा द्वयोः सूत्रयोः मध्ये कस्य सूत्रस्य कार्यं भवेत्, किं सूत्रं कार्यं कुर्यात्. यत्र कुत्रापि द्वयोः सूत्रयोः मध्ये सङ्घर्षः भवति, सूत्रद्वयम् आगत्य उपविशति चेत्, द्वयोः सूत्रयोः मध्ये सङ्घर्षः भवति चेत् तदा बलाबलचिन्तनं करणीयम्. बलाबलचिन्तनं करणीयम् इत्युक्ते सूत्रसङ्ख्या का इति द्रष्टव्यम्. अत्र सूत्रद्वयमस्ति खलु, स्यतासील् रूल् उटोः इति सूत्रं त्रयस्त्रिंशत्तमं सूत्रं, कर्तरि शप् इति सूत्रम् अष्टषष्टितमं सूत्रमस्ति. भवन्तः सर्वे श्रुतवन्तः खलु, अष्टाध्याय्यां भागद्वयमस्ति, सपादसप्ताध्यायी त्रिपादी. प्रथमाध्यायस्य प्रथमपादात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी, अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अन्तिमपादपर्यन्तम् इत्युक्ते त्रयः पादाः सन्ति इति कारणतः त्रिपादी, त्रयाणां पादानां समाहारः इति विग्रहवाक्यं. त्रिपादी इत्यत्र द्विगुसमासः अस्ति. अष्टाध्यायीग्रन्थस्य भागद्वयम् अस्ति. सपादसप्ताध्याय्याम् एकं सूत्रमस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति. तेन सूत्राणि किमुच्यते? एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अपि च द्वयोः प्रसङ्गे तुल्यबलविरोधः अस्ति चेत् तदा परसूत्रं बलवत् भवति. विप्रतिषेधे परं कार्यम् इति सूत्रेण सामान्यतया परसूत्रं बलवत् भवति इति विप्रतिषेधे परं कार्यं सूत्रेण उच्यते. अत्र परसूत्रं किं? कर्तरि शप् सूत्रमेव परसूत्रम् अस्ति. सूत्रसङ्ख्या अस्ति अष्टषष्टिः. स्यतासील् रूल् उटोः सूत्रस्य सङ्ख्या अस्ति त्रयस्त्रय. अतः स्यतासील् रूल् उटोः इति सूत्रं पूर्वसूत्रं, कर्तरि शप् इति सूत्रं परसूत्रम् अस्ति. विप्रतिषेधे परं कार्यं सूत्रेण परसूत्रस्य बलेन कर्तरि शप् सूत्रस्य कार्यमेव भवेत्, किन्तु तथा न भवति. किमर्थम्? विप्रतिषेधे परं कार्यं सूत्रेण परसूत्रमेव बलवत् भवति इति तु सत्यमेव, किन्तु कर्तरि शप् इति सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति. तस्य कृते कार्यं कर्तुम् अन्यत्र अवकाशः अस्ति. कर्तरि शप् सूत्रस्य कृते लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे, चतुर्षलकारेषु कर्तरि शप् सूत्रस्य कृते अवकाशः अस्ति. किन्तु स्यतासील् रूल् उटोः इति सूत्रं लृट् लकारे कार्यं न करोति चेत् अन्यत्र तस्य कृते लब्धावकाशः नास्ति. कर्तरि शप् सूत्रस्य कार्यम् एव सर्वत्र भवति चेत् स्यतासील् रूल् उटोः सूत्रस्य कृते अन्यत्र कुत्रापि तस्य कार्यं भवितुं न शक्नोति. स्यतासील् रूल् उटोः सूत्रस्य कृते लब्धावकाशः अन्यत्र नास्ति. लृट् लकारे एव तस्य कृते अवकाशः अस्ति. तत् सूत्रं लृट् लकारे कार्यं न करोति चेत् तत् सूत्रं व्यर्थं भवति. सूत्रं तथा व्यर्थं मा भवतु इति कृत्वा अपवादबलेन अपवादत्वेन तत् सूत्रं लृट् लकारे कार्यं करोति. निरवकाशत्वम् एव अपवादस्य बलं भवति. निरवकाशः इति अपवादस्य लक्षणं. कर्तरि शप् सूत्रस्य कृते स्यतासील् रूल् उटोः इति अपवादसूत्रं भवति. सर्वत्र कर्तरि शप् सूत्रमेव कार्यं करोति चेत् स्यतासील् रूल् उटोः सूत्रस्य कार्यं कुत्रापि भवितुं न शक्नोति. अतः अपवादबलेन तस्य कार्यं भवति. स्यतासील् रूल् उटोः इति सूत्रम् अपवादसूत्रम्. अतः कर्तरि शप् सूत्रं प्रबाध्य अपवादबलेन स्यतासील् रूल् उटोः सूत्रेण स्याप्रत्ययस्य विधानं भवति. किमर्थम् अपवादसूत्रं बलवत् भवति इति प्रश्ने सति तत्र एकं वार्तिकम् इति अस्ति, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति नियमः अस्ति अष्टाध्याय्यां। पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्युक्ते पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम्, एतेषाम् अपेक्षया अपवादसूत्रं बलवत् भवति, अतः एव उत्तरोत्तरं बलीयः। अत्र स्यतासील् रूलुटोः इति सूत्रम् अपवादसूत्रम्, अतः अपवादबलेन स्यतासील् रूलुटोः इति सूत्रेण कार्यं भवति इति कौमुदीकारस्य मतमस्ति। माताजी यद्वदति तदेव वयं किञ्चित् मनसि स्मरामः। केवलं ज्ञानार्थम् एतत् सर्वं पठन्तः स्मः, यत् पूर्वं वयं पठितवन्तः तस्मिन्नेव सौलभ्यम् अस्ति, लाघवम् अस्ति। अग्रे एकं वाक्यं पठित्वा समापयाम। इदानीं सुन्दर महोदय भवान् पठतु।
भगिनी एकः संशयः, अत्र सोपानानि विरुद्ध अस्ति भवती उक्तवती, किं विपरीतं किम् अस्ति सोपानानि? आप् योगे स्य योगे ति अत्र तथैव अस्ति खलु, आप् योगे स्य एव आगच्छति तदनन्तरं लृट् लकारस्य उपरि अपि तथैव अस्ति। प्रथमसोपाने
भगिन्याः प्रश्नस्य उत्तरं वदतु।
प्रथमसोपाने माताजी मतम् अस्य अस्ति, प्रथमसोपाने एव स्या प्रत्ययः आगच्छति। अत्र कौमुद्याः मतम् अस्ति प्रथमसोपाने कर्तरि शप् इति आगच्छति, तदनन्तरम् अपवादसूत्रेण स्यतासि लोटोः इति सूत्रेण बलाबलं कृत्वा तदनन्तरम् आगच्छति, तदेव भिन्नम् अस्ति किल तत्र द्वयोः मतयोः भिन्नं तदेव तत्रैव भिन्नम् अस्ति किल।
आप्योगः लृट् इत्यत्र लृट् प्रत्ययं निमित्तीकृत्य इत्युक्ते लृट् लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः प्रथमस्तरे एव स्या आयाति माताजी वदति, किन्तु कौमुदीकारेण भिन्नरीत्या उक्तम् अस्ति। वदतु।
प्रथमं कर्तरिषप् आयाति, तदनन्तरं शतास्त्री लिटोः लिटोः इति अपवादसूत्रेण सूत्रस्य बलाबलं कृत्वा तदनन्तरमेव
भेदः कः इत्युक्ते सार्वधातुकप्रक्रियायां भेदः नास्ति, किन्तु आर्धधातुकप्रक्रियायां मार्गद्वयमस्ति, मतद्वयमस्ति। कौमुद्याः मतं भिन्नं, मातॄणां मतं भिन्नम् अस्ति। एतत् सर्वम् अस्माकं कृते ज्ञानार्थं प्रदर्शितमस्ति, किन्तु मातृभिः यदुक्तमस्ति तस्मिन्नेव सारल्यम् अस्ति, अतः तदेव वयं स्वीकुर्मः। महोदय पठतु।
आप् योगे लृट् स्यतासि लृ लुटोः आप् योगे स्य योगे लृट् तिङ् विधानम् अनेन मार्गे लघुत्वं कर्तरि शप् इत्यस्य अवसरः न भवति एव। आप् योगे लृट् स्यतासि लृ लुटोः इत्यनेन लृटि परे धातुतः स्यः आप् योगे स्य योगे इल् सोरि लकारः आप् योगे स्य योगे लकारः धातोः परः स्य प्रत्ययः आर्धधातुकम् अतः कर्तरि शप् स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिः नास्ति। आप् योगे स्य योगे लकारः प्रथमपुरुषैकवचने तिवादेशः आप् योगे स्य योगे तिप् अनुबन्धलोपे सति आप् योगे स्य योगे ति वर्णमेलने आप्स्यति इति सिद्ध्यति।
महोदय माताजी वदति इति न पठितं, पठतु।
माताजी वदति परन्तु यत् स्यतासि लृ लुटोः त्रयभागः तृतीयाध्यायस्य प्रथमभागस्य त्रिंशत् सूत्रं त्रयोत्रिंशत् सूत्रम् इत्यनेन लृटि लृङि च परे धातुतः स्यः स्यः लुटि परे धातुतः तासि भवति अतः साक्षात् लकारस्य लकार अवस्थायामेव स्य विकरणविधानं विधानं भवतु अत्र माताजी किं वदति शतासि लृ लुटोः इति सूत्रेण लृटि लृङि च परे लृटि लृङि च परे धातुतः स्यः धातुतः स्यः लुटि परे धातुतः तासि भवति अतः साक्षात् लकार अवस्थायामेव स्य विकरण विधानं भवतु अत्र माताजी किं वदति ल्युट् लृङ् परे सोरि लृट् परे धातुतः स्य प्रत्ययः विहितः एवं लुट् परे तासि भवति साक्षात् लकारसमये एव लकार विधानसमये एव स्य विकरणविधानं भवतु इति माताजी वदति तदेव
चतुर्षार्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययः लकारावस्थायाम् एव प्रथमस्तरे एव लकारविधानं भवति इति माताजी वदति यथासील् रूलुटोः इति सूत्रं लृङ् लकारप्रसङ्गे लुट् लकारप्रसङ्गे कार्यं करोति लुट् लकारे अपि स्या लकारनिमित्तिकविकरणप्रत्ययः लृङ् लकारे अपि स्या लकारनिमित्तिकविकरणप्रत्ययः किन्तु लुट् लकारे तास् इति प्रथमस्तरे एव लकारं निमित्तीकृत्य लकारावस्थायाम् एव प्रथमस्तरे एव विकरणविधानं भवति अग्रे किं लिखितं वदतु
आप् योगे आप् योगे लृट् इति स्यतासि नृ लुटोः इति सूत्रेण आप् योगे स्य योगे लृट् तिङ्विधानं भवति अनेन मार्गे लघुत्वं भवति कर्तरि शप् इत्यस्य अवसरः एव न भवति इति अत्र आप्योगे लृट् लृट् प्रत्ययस्य विधानसमये आप्योगे लृट् अत्र शतासि लृ लुटोः इति सूत्रं प्रथमस्तरे एव कार्यं करोति इति कृत्वा आप् योगे स्य योगे लृट् अत्र स्य विकरणप्रत्ययः प्रथमस्तरे एव आगत्य आप् इति धातोः अनन्तरमेव आगच्छति प्रथमस्तरे तत्र तिङ्प्रत्ययः तदनन्तरमेव आगच्छति इति कृत्वा धातुः तिङ्प्रत्ययं न पश्यति एव साक्षात् न पश्यति एव अनेन मार्गे लघुत्वं भवति किमर्थं लघुत्वं भवति कर्तरि शप् इत्यस्य अवसरः एव न भवति अनेन मार्गेण इति कारणेन अत्र लघुत्वं भवति इति लिखितम्
स्या प्रत्ययः आर्धधातुकप्रत्ययः धातोः परम् आर्धधातुकप्रत्ययः अस्ति प्रथमस्तरे एव स्या आगत्य तत्र तिष्ठति इति कृत्वा शप् इत्यस्य अवसरः एव तत्र नास्ति शप् कदा आयाति कर्त्रर्धकसार्वधातुकप्रत्ययः निमित्तम् अस्ति चेदेव कर्तृशप् सूचेन शप् आगन्तुं शक्नोति अत्र तु स्या प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः द्वितीयसोपाने तिबादयः आयान्ति आप्योगः स्या प्रथमे स्तरे अस्ति पश्चात् लृट् इत्यत्र लकारस्य स्थाने लस्य सूत्रेण तिबादयः द्वितीयसोपाने आयान्ति इति कारणतः कर्तृशप् इत्यस्य अवसरः आर्धधातुकप्रक्रियायाम् अथवा मातुः पद्धत्यां शप् इत्यस्य अवसरः नास्ति अग्रे वदतु
आप योगी लृट् श्यतासि लृ लुटोः इत्यनेन लृटि परे धातुतः स्यः आप योगे स्य योगे लकारः धातोः परः स्यः प्रत्ययः आर्धधातुकम् आर्धधातुकम् अतः कर्तरि शप् स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिः एव नास्ति आप योगे स्य योगे लकारः प्रथमपुरुषैकवचने तिबादेशः आप योगे स्य योगे तिप् अनुबन्धलोपे सति आप योगे स्य योगे पि वर्णमेलनेन आप्स्यति इति रूपं सिद्ध्यति अत्र आप योगे लृट् इति प्रसङ्गे स्यतासि लृ लुटोः इति सूत्रेण लृट् लृट् प्रत्यये परे धातुतः स्य इति प्रत्ययः विहितः धातुतः स्य इति प्रत्ययः विहितः अस्मात् कारणात् आप् योगे स्य योगे इल् लकारः धातोः परः स्य प्रत्ययः प्रत्ययः आर्धधातुकसंज्ञकः इति कारणेन अतः कर्तरिषप् वा स्वादिभ्यः श्नुः वा इत्यनयोः प्रसक्तिः एव नास्ति इति लिखितम्
स्वादिभ्यः श्नुः इत्यस्य प्रसङ्गः अत्र किमर्थम्
अत्र किमर्थं स्वादिभ्यः श्नुः यदि आप्नोति इति आप् धातुः अस्ति किल तत्र श्नुः स्वादि शपं प्रबाद्य स्वादिभ्यः श्नुः इति प्रत्यये आगच्छति किल आप् इति धातोः स्वादिगणीयधातुः इति कारणम्
आप् धातुः स्वादिगणीयधातुः अस्ति इति कारणतः तत्र शपं प्रबाध्य स्वादिभ्यः श्नु सूत्रस्य कार्यमस्ति वा इति प्रश्ने सति अत्र आदौ एव स्याप्रत्ययः आगत्य तत्र उपविशति अतः धातोः परं स्याप्रत्ययः अस्ति स्याप्रत्ययः तिंशित् नास्ति अतः स्याप्रत्ययः अर्धधातुकः अर्धधातुकप्रत्ययः धातोः परमस्ति इति कारणतः कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति स्वादिभ्यः स्नु प्रसक्तिः अपि नास्ति वदतु
स्वादिभ्यः स्नु इत्यस्य अपि प्रसक्तिः नास्ति आप् योगे स्य योगे इल् ओके सारि इल् लकारः प्रथमपुरुषैकवचने तिप् आदेशः भवति आप् योगे स्य योगे तिप् तदनन्तरम् अनुबन्धलोपे सति पकारस्य इत्संज्ञा भूत्वा हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति तदनन्तरम् आप् योगे स्य योगे ति वर्णमेलनेन आप्स्यति इति रूपं सिद्ध्यति अन्तिमं रूपम्
उत्तमम् शेतासील् रूलुटोः अपि च कर्तरि शप् द्वयोः प्रसङ्गे बलाबलचिन्तनं कुर्मः चेत् परसूत्रं बलवद्भवति चेदपि अत्र अपवादबलेन शेतासील् रूलुटोः सूत्रेण कार्यं भवति लृट्लकारप्रसङ्गे शेतासील् रूलुटोः सूत्रं लृट्लकारे लृङ्लकारे कार्यं न करोति चेत् अन्यत्र तस्य कृते लब्धावकाशः नास्ति अत्र कार्यं न करोति चेत् तत् सूत्रं निरर्थकम् अथवा व्यर्थं भवति तथा व्यर्थं मा भवतु अष्टाध्याय्याम् एकमपि सूत्रं व्यर्थं मा भवेत् इति चिन्तयित्वा पाणिनिः सूत्राणि लिखितवान् लृट्लकारस्य कृते एव स्यतासील् रूलुटोः सूत्रं लिखितम् अस्ति कर्तृश सूत्रस्य कृते स्यतासील् रूलुटोः इति अपवादः लृट्लकारे तस्य कार्यं न भवति चेत् अन्यत्र भवितुं न शक्नोति तस्य कार्यम् अतः तस्य सूत्रस्य कृते अवकाशः कल्पनीयः अतः तस्य कार्यं भवेत् एव आदौ एव भवेत् लकारावस्थायाम् एव लकारनिमित्तीकृत्य एव स्याप्रत्ययः आगच्छेत् इति मातृभिः उक्तमस्ति वदतु
आहत्य शतासि लृलुटोः इत्यनेन सूत्रेण लृटि लृङ्गि च परे धातोः स्यः एवं लुटि लुटि परे धातोः तास् स्लि लुङ्गि च्लि लुङ्गि इत्यनेन लुङ्गि धातोः च्लि प्रत्ययः लृट् लृङ् लुट् लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानम् अनेन येषु च कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति न भवति एव समानमेव अन्यलकारेषु अपि स्यतासि लृ लुटोः इत्यनेन सूत्रेण लृटि लृङ्गि च परे अपि धातोः स्यः स्य प्रत्ययः विहितः एवं लुटि परे धातोः तास् इति प्रत्ययः विहितः च्ली लुङ्गि इत्यनेन सूत्रेण लुङ्गि धातोः च्ली इति प्रत्ययः विहितः एवं लृट् लृङ् लुट् लुङ् इत्येषु चतुर्षु लकारेषु अपि साक्षात् विकरणप्रत्ययस्य साक्षात् विकरणप्रत्ययस्य विधानम् कर्तरि शप् इति चतुर्षु लकारेषु अपि अनेन कर्तरि शप् इत्यस्य प्रसक्तिः कदापि न भवति इत्येव लिखितम्.
उत्तमम्. षट् लकाराः सन्ति खलु, तेषु चतुर्षु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः प्रथमस्तरे एव आगत्य उपविशति, अतः कर्तरि शप् इत्यस्य प्रसङ्गः तत्र नास्ति. स्यतासील् रूलुटोः सूत्रेण लृट् लकारे लृङ् लकारे द्वयोः लकारयोः प्रसङ्गे स्या इति लकारनिमित्तिकविकरणप्रत्ययः एव आगच्छति. भविष्यति इति लृट् लकाररूपम्, अभविष्यत् इति लृङ् लकाररूपम्, द्वयोः प्रसङ्गे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. लुट् लकारे तास् इति प्रत्ययः आयाति. लुङ् लकारे चिलि इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. आहत्य चतुर्षु लकारेषु साक्षात् लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययस्य विधानं भवति. अन्य लकारद्वयमस्ति खलु, लिट्च लिङ्गाशिशि सूत्रद्वयेन तत्र तिङ् प्रत्ययाः आर्धधातुकाः भवन्ति. अग्रिमेषु परिच्छेदेषु भट्टोजिदीक्षितसिद्धान्तकौमुदीकारेण किमुक्तमस्ति, सः मार्गः दोषाय वा, भट्टोजिदीक्षितस्वीकृतमार्गः दोषाय नास्ति. भाष्यकारेण मार्गद्वयमपि उक्तमस्ति. महाभाष्ये द्वयोः मार्गयोः अङ्गीकारः अस्ति. सिद्धान्तकौमुदीकारः अपि तस्य मार्गस्य समर्थनार्थं कारणं प्रदर्शयति. कारणम् अग्रिमे परिच्छेदे लिखितमस्ति, विकरणेभ्यो नियमः बलीयान् इति परिभाषा अस्ति. केवलं चिन्तनार्थं ज्ञानार्थं पठामश्चेत् पर्याप्तं भवति. भवन्तः इच्छन्ति चेत् अग्रिमे शुक्रवासरे पठिष्यामः, नो चेत् अन्यविषयं प्रति गन्तुं शक्नुमः. भवन्तः किं चिन्तयन्ति, पठामः वा नो चेत् अग्रिमविषयं प्रति गमिष्यामः वा?
पठिष्यामः, एकं परिच्छेदं पठित्वा अग्रिम गमिष्यामः.
किमर्थं विद्यासं भवति इति जानीमः तदनन्तरं. झटिति
भवन्तः जानन्ति खलु, परिभाषेन्दुशेखरः इति एकं पुस्तकमस्ति. परिभाषेन्दुशेखरः इति पुस्तकं नागेशभट्टेन रचितम् अस्ति. नागेशभट्टः एकः वैयाकरणः. परिभाषेन्दुशेखरे परिभाषाः सन्ति. परिभाषा भिन्ना, परिभाषासूत्रं भिन्नं, तत्र क्रमः मास्तु. परिभाषासूत्रं भिन्नं, परिभाषा भिन्ना. नागेशभट्टस्य पूर्वमेव परिभाषाः आसन्, किन्तु सः किं कृतवान् इत्युक्ते परिभाषाणां सङ्ग्रहणं कृतवान्. सर्वाः परिभाषाः सङ्गृह्य परिभाषेन्दुशेखरे सः स्थापितवान्. परिभाषेन्दुशेखरे एका परिभाषा अस्ति, विकरणेभ्यो नियमः बलीयान्. तेन आधारेण सिद्धान्तकौमुदीमार्गः साधु भवति. तस्मिन् मार्गे दोषः नास्ति, किन्तु सः मार्गः अनावश्यकः इति चिन्तनम् अस्ति. भवन्तः सर्वे चिन्तयन्तु अस्मिन् प्रसङ्गे. अग्रिमपरिच्छेदत्रयं भवन्तः पठन्तु. आगामिनि सप्ताहे वयं सर्वे मिलित्वा चिन्तनं करिष्यामः. सर्वेषां कृते धन्यवादाः.